सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. एनाक्षरसमाम्नायं गम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. सूत्राणां बलाबलम् इति पाठः आरब्धः. सूत्राणां बलाबलस्य प्रसङ्गे सूत्रद्वयं स्मर्तव्यं. विप्रतिषेधे परं कार्यं पूर्वत्रासिद्धम् इति सूत्रद्वयम् अस्मिन् अवसरे एव. परिभाषाद्वयमपि ज्ञातव्यं. पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति प्रथमा परिभाषा अस्ति. द्वितीया परिभाषा अस्ति असिद्धं बहिरङ्गम् अन्तरङ्गे. प्रथमया परिभाषया किं ज्ञायते इत्युक्ते, पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति इति तया परिभाषया उच्यते. पूर्वतनेषु वर्गेषु पूर्व पर नित्य सूत्राणां प्रसङ्गे उदाहरणानि स्वीकृत्य चिन्तनं कृतवन्तः. अन्तरङ्गस्य प्रसङ्गे अपि चिन्तनम् आरब्धमासीत्. अन्तरङ्गं द्विविधमस्ति, पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम्. यत्र पूर्वोपस्थितनिमित्तकत्वम् अस्ति तत्र अन्तरङ्गत्वं भवति इति अर्थः अस्ति. तस्मिन्नेव प्रसङ्गे पठन्तः स्मः पूर्वोपस्थितनिमित्तक अन्तरङ्गम् इति. प्रथमप्रकारक अन्तरङ्गमस्ति. अन्तरङ्गम् इति पदमस्ति खलु, अन्तर् इत्युक्ते मध्ये इति अर्थः अस्ति. अङ्गम् इत्युक्ते निमित्तम्. अङ्गम् इत्युक्ते निमित्तम् इति अर्थं मनसि निधाय अत्र चिन्तनं करणीयम्. अन्तरङ्गत्वम् इति कथनेन तत्र विचारद्वयम् अस्ति. अन्तर्भूतनिमित्तकत्वम् इति एकः विचारः, अल्पनिमित्तिकत्वम् इति द्वितीयविचारः. अन्तरङ्गत्वम् इति कथनेन अल्पनिमित्तिकत्वम् अन्तर्भूतत्वम्. अन्तर्भूतनिमित्तिकत्वम् अपि निमित्तम् इति पदं बहुवारं वदामः. निमित्तम् इत्युक्ते किम्? निमित्तम् इत्युक्ते सूत्रेषु यत् पदं सप्तम्यन्ततया वा पञ्चम्यन्ततया वा अस्ति तदेव निमित्तरूपेण स्वीकर्तुं शक्नुमः. अपि च निमित्तं बहुप्रकारकमस्ति. कीदृशनिमित्तं स्वीकरणीयं तस्मिन् प्रसङ्गे अपि बहवः मतभेदाः सन्ति. सूत्राणां कार्यार्थं निमित्तम् अपेक्षितं, किन्तु कीदृशनिमित्तं स्वीकरणीयम् इति प्रश्नः उदेति. तत्र शब्दकृतनिमित्तं वा अर्धकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा इति त्रयः प्रकारकाः सन्ति. कीदृशनिमित्तं स्वीकरणीयम् इत्यस्मिन् प्रसङ्गे मतभेदाः सन्ति. पूर्वस्मिन् वर्गे वयं संज्ञाकृतनिमित्तस्य प्रसङ्गे चिन्तनं कृतवन्तः. शब्दकृतनिमित्तं स्वीकरणीयं वा अर्धकृतनिमित्तं स्वीकरणीयं वा, अनयोः द्वयोः प्रसङ्गे किं चिन्तनमस्ति? संज्ञाकृतनिमित्तं तु न स्वीकरणीयम् इति पूर्वस्मिन् वर्गे वयं पठितवन्तः, अथवा पूर्वतनेषु परिच्छेदेषु लिखितमस्ति. शब्दकृतनिमित्तम् अर्धकृतनिमित्तम् अनयोः प्रसङ्गे चर्चां कुर्वन्तः स्मः. शब्दकृतनिमित्तमेव स्वीकरणीयम् इति नागेशभट्टस्य मतमस्ति. शब्दः अर्धविशिष्टः, शब्दः अर्धपूर्णः, शब्दः अर्धवान् भवति. व्याकरणं शब्दशास्त्रम्, अतः शब्दकृतनिमित्तमेव स्वीकरणीयम् इति नागेशभट्टः वदति. अपि च नागेशभट्टस्य मतमेव पतञ्जलेः मतम् अपि. अर्धकृतनिमित्तं स्वीकुर्मः चेत् आपत्तिः का? अर्धकृतनिमित्तं किमर्थं न स्वीकरणीयम् इति अपि ज्ञातव्यं खलु. तस्य प्रदर्शनार्थमेव अस्माकं करपत्रे एकम् उदाहरणं दत्तमस्ति. अर्धकृतनिमित्तं किमर्थं न स्वीकरणीयम्? शब्दः अर्धवान् एव, किन्तु शब्दकृतनिमित्तमेव स्वीकरणीयम्. अर्धकृतनिमित्तं स्वीकुर्मः चेत् तत्र अनिष्टरूपापत्तिः भवति इति अवगन्तुम् अस्माकं करपत्रे एकम् उदाहरणं दत्तमस्ति. त्रि इति प्रातिपदिकमस्ति. त्रि इति शब्दः नित्य बहुवचनान्तशब्दः, अतः तस्य एकवचन द्विवचनरूपाणि न सन्ति. त्रि इति बहुवचनान्तशब्दः, अपि च तस्य रूपाणि त्रिषु लिङ्गेषु सन्ति. त्रि इति प्रातिपदिकं स्वीकृत्य तस्मात् परम् आम् इति षष्ठीविभक्ति बहुवचनप्रत्ययं योजयामश्चेत् पुंलिङ्गे किं चिन्तनमस्ति, नपुंसकलिङ्गे किं चिन्तनमस्ति, स्त्रीत्वविवक्षायां किं चिन्तनमस्ति. तत्र आम् इति षष्ठीविभक्ति बहुवचन प्रत्ययस्य योजनेन पुंलिङ्गे किं भवति? तत्र पुंलिङ्गे त्रि इति प्रातिपदिकमस्ति. त्रि इति प्रातिपदिकात् परम् आम् इति षष्ठीविभक्ति बहुवचनप्रत्ययं योजयामः. इदानीं त्रयस्त्रयः इति एकं सूत्रमायाति. त्रयस्त्रयः इति सूत्रेण त्रि इत्यस्य स्थाने त्रयादेशः भवति. त्रय इति आदेशः भवति. सः आदेशः अनेकालादेशः. त्रय इत्यत्र बहवः वर्णाः सन्ति खलु, अतः अनेकाल् आदेशः भवति त्रयस्त्रयः इति सूत्रेण. तदा त्रिस्थाने त्रय इति रूपम् आयाति. पश्चात् ह्रस्वनद्यापो नुट् इति सूत्रेण अत्र ह्रस्वान्तमङ्गमस्ति. त्रय इति ह्रस्वान्तमङ्गमस्ति इति कारणतः ह्रस्वनद्यापो नुट्. तत्र नदी, आपः इत्यादीनां प्रसङ्गे चिन्तनम् इदानीं मास्तु, तस्य विचारः अनावश्यकः इदानीम्. अत्र केवलं ह्रस्वान्तमङ्गमस्ति त्रय इति. आम् इति प्रत्ययः अस्ति, अतः आम् प्रत्ययस्य नुट् आगमः भवति. ह्रस्वनद्यापो नुट् इति सूत्रेण तेन त्रययोगः नाम् इति स्थितिः अस्ति. पश्चात् नामि इति सूत्रेण नामि परे अजन्त अङ्गस्य दीर्घत्वं भवति, अतः त्रया इत्यस्य रूपं त्रया इति भवति. तत्र त्रयायोगः नाम् इति रूपमस्ति. त्रया इत्यत्र रेपः अस्ति इति कारणतः अट्कुप्वाङ्गनं व्यवायेपि इति सूत्रेण णत्वं भूत्वा त्रयाणाम् इति रूपं सिद्ध्यति. एतादृशं चिन्तनमेव नपुंसकलिङ्गे अपि भवति. त्रयस्त्रयः इति सूत्रम् उत्सर्गसूत्रमस्ति, सामान्यसूत्रमस्ति. तस्य प्रसक्तिः त्रिषु लिङ्गेषु अस्ति, किन्तु स्त्रीलिङ्गे तस्य प्राप्तिः भवति वा इति प्रश्नः उदेति. त्रयस्त्रयः इति सामान्यसूत्रम् उत्सर्गसूत्रं त्रिषु लिङ्गेषु प्रसक्तिः अस्ति. पुंलिङ्गे नपुंसकलिङ्गे अनेन सूत्रेण एव त्रयादेशः भूत्वा त्रयाणाम् इति रूपं पुंलिङ्गे, नपुंसकलिङ्गे अपि त्रयाणाम् इति रूपं सिद्ध्यति. किन्तु स्त्रीलिङ्गे किं भवति? स्त्रीलिङ्गे त्रि इति प्रातिपदिकं स्वीकृत्य आम् प्रत्ययस्य योजनेन तत्र बहूनि सूत्राणि आयान्ति कार्यं कर्तुं. त्रयस्त्रयः इति सूत्रस्य प्रसक्तिः अपि स्त्रीलिङ्गे अस्ति. त्रिचतुरोस्त्रियां तिसृ चतसृ इति सूत्रस्य प्रसक्तिः अपि अस्ति. अनयोः सूत्रयोः कस्य प्राप्तिः भवति, केन क्रमेण भवति, किमर्थं त्रिचतुरोस्त्रियां तिसृ चतसृ इत्यस्य कार्यमेव भवति, त्रयस्त्रयः कार्यं किमर्थं न भवति, एतत् चिन्तनं करणीयमस्ति. त्रयस्त्रयः त्रिचतुरोस्त्रियां तिसृ चतसृ अनयोः प्रसङ्गे चिन्तनं कुर्मः चेत् त्रिचतुरोस्त्रियां तिसृ चतसृ इति सूत्रेण त्रिस्थाने तिस्र आदेशः भवति. पश्चात् ह्रस्वनद्यापो नुट् इति सूत्रेण आम् प्रत्ययस्य नुट् आगमः भवति. तेन तिसृ योगः नाम् इति स्थितिः अस्ति. अत्र नामे सूत्रस्य प्रसक्तिः अस्ति, किन्तु सूत्रं बाधित्वा न तिसृ चतसृ इति सूत्रम् आगत्य नामि सूत्रेण यत् दीर्घत्वं भवनीयं तत् दीर्घत्वं निषेधयति न तिसृ चतसृ इति सूत्रम्. अतः न तिसृ चतसृ इति सूत्रस्य कार्यं भूत्वा अत्र दीर्घत्वं निषिध्यते. एवं रीत्या वस्तुतः चिन्तनं भवति. अन्तिमं रूपं तु तिसॄणां, न तु तिसॄणां. तिसॄणाम् इति असाधुरूपम् अस्ति. एतत् चिन्तनं साधु एव. बहूनि सूत्राणि एकत्र आयान्ति, किन्तु अस्माकं पाठः एव सूत्राणां बलाबलं खलु. अतः बहूनि सूत्राणि एकत्र आगत्य कार्यं कर्तुम् उद्युक्तानि भवन्ति चेत् केन सूत्रेण कार्यं भवति, अन्तिमं फलं किमस्ति, अन्तिमं रूपं किमस्ति इति मनसि निधाय एव चिन्तनं करणीयं. किन्तु अन्तिमं रूपस्य साधनेन किमपि न भवति. तत्र चिन्तनं किम् अस्ति? तिसॄणाम् इति रूपसाधनवेलायां बहूनि सूत्राणि प्रसक्तानि सन्ति चेत् कस्य प्राप्तिः भवति, किमर्थं भवति, केन क्रमेण सूत्राणां कार्यं भवति इति चिन्तनं करणीयम्. तिसॄणां प्रसङ्गे त्रिचतुरोस्त्रियां तिसृ चतसृ, ह्रस्वनद्यापो नुट्, न तिसृ चतसृ एभिः त्रिभिः सूत्रैः एव अन्ततो गत्वा कार्याणि भवन्ति. तत्तु सत्यमेव, किन्तु तत्र सोपानक्रमे किं चिन्तनमस्ति इति एकवारं परिशीलयामः. आदौ त्रिचतुरोस्त्रियां तिसृ चतसृ अपि च त्रयस्त्रयः अनयोर्मध्ये सङ्घर्षः भवति. किमर्थं चेत् द्वयोः कृते निमित्तं पूरितं. त्रि इति प्रातिपदिकमस्ति. त्रिप्रातिपदिकस्य स्थाने त्रिचतुरोस्त्रियां तिसृ चतसृ सूत्रेण तिस्र आदेशः भवति वा, नो चेत् त्रयस्त्रयः इति सूत्रेण त्रयादेशः भवति वा इत्यत्र चिन्तनमस्ति, तत्र सङ्घर्षः अस्ति. एतेषां सूत्राणाम् अर्थं वयं पूर्वस्मिन् वर्गे पठितवन्तः. केवलं चिन्तनं किम् इति एकवारं परिशीलयामः. अस्यां प्रक्रियायाम् इति लिखितमस्ति अस्माकं करपत्रे. अत्र त्रिचतुरोस्त्रियां तिसृ चतसृ अपि च त्रयस्त्रयः अनयोर्मध्ये किं चिन्तनम् अस्ति, एकमेकं वाक्यं स्वीकृत्य पठनेन एव अवगन्तुं शक्नुमः. नीलं भगिनी आरम्भं करोतु.
अस्यां प्रक्रियायां त्रिचतुरोस्त्रियां तिसृ चतस्र सप्तमाध्याये द्वितीयपादे नवनवतितमं सूत्रम् इत्यस्मिन् स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् तिस्र आदेशः विधायक शास्त्रं बहिरङ्गं भवति. त्रयस्त्रयः सप्तमाध्याये प्रथमपादे पञ्चाशतं सूत्रम् इति त्रयादेशः विधायक शास्त्रं प्रति. त्रिचतुर्योस्त्रियां तिस्र चतस्र इत्यनेन स्त्रियां त्रिस्थाने तिस्र चतुर्स्थाने चतस्र विभक्तिसंज्ञक प्रत्यये परे. त्रयस्त्रयः इत्यनेन त्रिस्थाने त्रयादेशो भवति आम प्रत्यये परे. उभ्यत्र परनिमित्तिकत्वम् अस्ति, अतः स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् चतुरोः स्त्रियां तिस्र चतस्र इति बहिरङ्गं भवति त्रयस्त्रयः इति सूत्रं प्रति. यतोहि त्रयस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति, अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः. अस्यां दशायां तिस्र आदेशस्य अभावात् तिस्र आदेशस्य दीर्घत्वप्राप्तिः अपि न भवति. तस्मात् च दीर्घत्वस्य निषेधकसूत्रं न तिस्र चतस्र व्यर्थं तन्न भवेत्.
अस्मिन् परिच्छेदे सम्पूर्णसारांशः उक्तः. पश्चात् एतत् कथं भवति इति अग्रिमेषु परिच्छेदेषु दत्तमस्ति. तिसॄणां रूपसिद्ध्यर्थं किं करणीयम् इति सर्वम् अस्मिन् परिच्छेदे लिखितमस्ति. अतः प्रत्येकं वाक्यं स्वीकृत्य वदतु.
इत्युक्ते तत्र त्रिप्रातिपदिकः तत्र स्त्रियां द्योतयितुं नाम आं प्रत्ययः योजयामः चेत् तस्मिन् दशायां तत्र त्रिचतुरोस्त्रियां तिस्र चतस्र इति सूत्रस्य प्रसक्तिः अपि च त्रयस्त्रयः सूत्रद्वयस्य प्रसक्तिः तत्र एकस्मिन् सोपाने भवति.
किमर्थं भवति
इत्युक्ते त्रयस्त्रयः इति सूत्रं किमपि न वदति. सूत्रं वदति त्रियोग आम् यत्र यत्र त्रियोग आम् भवति तत्र तत्र त्रयस्त्रयः इति सूत्रस्य प्रसक्तिः भवति. किमर्थं चेत् सूत्रस्य तादृश अर्थः अस्ति. त्रि स्थाने त्रयादेशः भवति. कदा भवति इत्युक्ते आम् प्रत्ययपरे विभक्तिसंज्ञक प्रत्ययः परे तत्र आम् तत्र त्रयः आदेशः.
त्रिषु लिङ्गेषु केवलम् आम् प्रत्यये परे एव अस्य सूत्रस्य प्रसक्तिः अस्ति. त्रिचतुरोस्त्रियां तिसृ चतस्र किं वदति?
त्रिचतुर्चतुर्योः स्त्रियां तिसृ चतस्र इति सूत्रं वदति. त्रि यः प्रातिपदिकम् अस्ति अपि च चतुर् यः प्रातिपदिकम् अस्ति तत्र स्त्रियाम् इत्युक्ते तत्र स्त्रियां द्योतयितुं तत्र त्रिस्थाने तिस्रादेशः चतुर्स्थाने चतस्रादेशः कदा भवति विभक्तिसंज्ञक अर्थ अत्र किमस्ति?
स्त्रियाम् इति शब्दस्य अर्धनिमित्तिकत्वं स्वीक्रियते चेत्
तिस्रादेशः विधायकं बहिरङ्गं भवति.
किमर्थं भवति इति चिन्तनीयम्. इत्युक्ते स्त्रियाम् इति शब्दस्य अर्धनिमित्तिकत्वं स्वीकुर्मः चेत् त्रिचतुरोस्त्रियां तिसृ चतस्र सूत्रं बहिरङ्गं भवति, त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति. तत् किमर्थम्
इत्युक्ते अत्र यः स्त्रियाम् इति शब्दः तत्र स्त्रियाम् इति अस्ति सः तत्र केवलं तत्र कोऽपि वर्णस्य किमपि तत्र शब्दस्य शब्दं नास्ति. स्त्रियाम् इति शब्दम् अनन्तरं तत्र कार्यं न भवति. केवलं स्त्रियां स्त्री लिङ्गेषु एव एतत् सूत्रं कार्यं कर्तुं शक्यते. अतः तत्र केवलम् अर्थनिमित्तिकस्य एव तत्र बोधनं भवति, न तु तत्र शब्दस्य. इत्युक्ते तत्र त्रियोगस्त्रियाम् इति तत्र स्थितिः नास्ति.
अत्र किं चिन्तनमस्ति इत्युक्ते, त्रयस्त्रयः इति सूत्रस्य कृते अल्पनिमित्तिकत्वमस्ति, आम् प्रत्यये परे तत् सूत्रं कार्यं करोति. त्रि इति प्रातिपदिकम् आवश्यकम्, आम् इति प्रत्ययः आवश्यकः. इत्युक्ते प्रातिपदिकम् आवश्यकं, प्रत्ययः आवश्यकः. इत्युक्ते निमित्तद्वयमेव आवश्यकमस्ति. किन्तु त्रिचतुरोस्त्रियां तिसृ चतसृ इत्यत्र त्रि इति प्रातिपदिकम् आवश्यकमस्ति, अपि च तस्मात् परं कोऽपि विभक्तिसंज्ञकप्रत्ययः आवश्यकः. अपि च तृतीयम् एकम् अधिकं निमित्तम् आवश्यकं. स्त्रियाम् इति शब्दस्य अर्थनिमित्तिकत्वं स्वीक्रियते, तत्र एकम् अधिकं निमित्तम् आवश्यकमस्ति. यस्य सूत्रस्य अल्पनिमित्तिकत्वमस्ति तत् अन्तरङ्गं भवति, यस्य सूत्रस्य बहुनिमित्तिकत्वम् अस्ति तत् बहिरङ्गं भवति. अस्यां दशायां त्रयस्त्रयः सूत्रस्य अल्पनिमित्तिकत्वम् अस्ति, त्रिचतुरोस्त्रियां तिसृचतसृ इत्यस्य अधिकनिमित्तिकत्वम् अस्ति. अतः त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति त्रिचतुरोस्त्रियां तिसृचतसृ सूत्रं प्रति, खलु?
आं भगिनि, अल्पनिमित्तिकं स्वीकुर्मः चेत् तत्र त्रयस्त्रयः इति अन्तरङ्गं भवति.
अपि च अत्र इतोपि चिन्तनं कर्तुं शक्नुमः. अत्र सूत्रसङ्ख्यां पश्यतु.
त्रयस्त्रयः इति पूर्वसूत्रम्.
पूर्वसूत्रमस्ति, किन्तु त्रिचतुरोस्त्रियां तिसृचतसृ इति सूत्रं परसूत्रमस्ति. द्वयोः कृते अन्यत्रान्यत्र लब्धावकाशः अस्ति. इत्युक्ते त्रयस्त्रयः सूत्रस्य कृते पुंलिङ्गे नपुंसकलिङ्गे कार्यं कर्तुम् आम् प्रत्यये परे अवकाशः अस्ति, पृथक्तया कार्यक्षेत्रम् अस्ति. त्रिचतुरोस्त्रियां तिसृचतसृ कृते अपि अन्यत्र लब्धावकाशः अस्ति. अन्यत्र इति कथनेन षष्ठी विभक्ति बहुवचनप्रत्ययं विहाय अन्येषु स्थलेषु त्रिचतुरोस्त्रियां तिसृचतस्य प्रसङ्गे पृथक् कार्यक्षेत्रमस्ति. अतः अनयोर्मध्ये तुल्यबलविरोधः अस्ति, विप्रतिषेधः अस्ति इत्यतः परत्वबलेन विप्रतिषेधे परं कार्यम् इति सूत्रेण त्रिचतुरोस्त्रियां तिसृचतसृ कार्यं भवति इति वक्तुं शक्यते वा?
अत्र तुल्यबलविरोधः वर्तते. अत्र द्वयोः मध्ये
तुल्यबलविरोधः अस्ति इति अपि वक्तुं शक्यते, खलु? इत्युक्ते द्वयोः सूत्रयोः कृते अन्यत्र लब्धावकाशः अस्ति, पृथक् कार्यक्षेत्रमस्ति. अतः द्वयोर्मध्ये तुल्यबलविरोधः अस्ति इत्यतः विप्रतिषेधे परं कार्यं सूत्रेण परसूत्रं बलवत् भूत्वा परसूत्रस्य कार्यं करणीयम्. अतः तिसृ आदेशः भवति इति वक्तुं शक्यते. किन्तु अनयोः सूत्रयोः मध्ये एकं सूत्रम् अन्तरङ्गं भवति चेत् अन्तरङ्गप्रसङ्गे अपि चिन्तनं करणीयं, खलु? केवलं पूर्वपरचिन्तनं कुर्मः चेत् पर्याप्तं नास्ति, खलु? पूर्वपरचिन्तनम् अपर्याप्तम् अस्ति. एवमेव नित्यसूत्रमस्ति वा अनयोर्मध्ये एकम् इति अपि चिन्तनीयम्. अनयोर्मध्ये एकं सूत्रम् अन्तरङ्गमस्ति वा इति अपि चिन्तनीयम्. इदानीं वयम् अनयोर्मध्ये एकं सूत्रम् अन्तरङ्गमस्ति वा इति चिन्तनं कुर्वन्तः स्मः. इदानीं भवती वदतु, त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति इति अस्मिन् वाक्ये उक्तमस्ति, भवती वदतु.
इत्युक्ते अत्र तु अल्पनिमित्तिकत्वम् इति आधारेण न लिखितमस्ति. अत्र लिखितमस्ति स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् तिस्र आदेशः विधायक शास्त्रं बहिरङ्गं भवति त्रयस्त्रयः इति आदेशस्य कृते. किमर्थं चेत् अल्पनिमित्तिकं वदामः चेत् तत्र तु सम्यक् अवगतं, परन्तु इदानीं तत्र स्त्रियाम् इति यः सूत्रे पदं दत्तम् अस्ति तेन आधारेण तत्र यः तिस्र आदेशः सः बहिरङ्गं भवति.
कथं बहिरङ्गं भवति इत्युक्ते, त्रिचतुरोस्त्रियां तिसृचतसृ सूत्रं कथं बहिरङ्गं भवति इत्युक्ते, स्त्रियाम् इति शब्दस्य अर्धनिमित्तिकत्वं स्वीकुर्मः चेत् तथा भवति. सारांशः कः? अर्धनिमित्तिकत्वं मा स्वीकरोतु इति एव अत्र ज्ञातव्यः अंशः. स्त्रियाम् इति शब्दस्य अर्धनिमित्तिकत्वं स्वीक्रियते चेत् आपत्तिः अस्ति. का आपत्तिः इत्युक्ते अत्र स्त्रियाम् इति शब्दस्य अर्धनिमित्तिकत्वं स्वीकुर्मः चेत् स्त्रियाम् इति एकम् अधिकं निमित्तं भवति, अतः त्रिचतुरो स्त्रियां तिसृचतस्रसूत्रस्य कृते त्रीणि निमित्तानि अपेक्षितानि भवन्ति, त्रयस्त्रयः सूत्रस्य कृते केवलं निमित्तद्वयमेव अपेक्षितम्, अतः तत् सूत्रम् अन्तरङ्गं भवति, अन्तरङ्गं भवति चेत् अन्तरङ्गसूत्रस्य कार्यमेव भवनीयम् इति अत्र विषयः अस्ति, किन्तु तद् भवति वा न वा इति अग्रे गत्वा अवगन्तुं शक्नुमः. अग्रे वदतु, अग्रिमेषु वाक्येषु किं दत्तम्?
अनन्तरं तत्र वाक्ये तत्र त्रिचतुर्स्त्रियां अत्र सूत्रस्य विषये दत्तम् इत्युक्ते तत्र विभक्ति संज्ञकप्रत्ययः परे तत्र त्रिस्थाने तिस्र आदेशः भवति, अपि च त्रयस्त्रयः इति यः सूत्रे तत्र त्रिस्थाने यः त्रय आदेशः केवलम् आम् प्रत्ययपरे एव भवति, अतः अल्पनिमित्तिकत्वम् अत्र दृश्यते.
अग्रिमेषु वाक्येषु केवलं सूत्रार्थः उक्तः खलु. अग्रिमे वाक्ये त्रिचतुरो स्त्रियां तिसृचतस्रु सूत्रेण किं कार्यं भवति, त्रयस्त्रयः सूत्रेण किं कार्यं भवति. त्रयस्त्रयः इति सूत्रेण त्रिस्थाने त्रयादेशः भवति आम् प्रत्यये परे. उभयत्र परनिमित्तिकत्वम् अस्ति इत्युक्ते किम्?
इत्युक्ते तत्र परनिमित्तिकत्वम् इत्युक्ते साक्षात् निमित्तं परे अस्ति चेदेव कार्यम्, इत्युक्ते तत्र सप्तम्यन्तं पदः दत्तम् इत्युक्ते तत्र त्रिस्थाने यः तिस्र आदेशः भवति साक्षात् परे विभक्तिसङ्ख्यकप्रत्ययः अस्ति चेत् तिस्र, अपि च तथैव तत्र त्रयस्त्रयः इति तत्र त्रियोग आम् यदा भवति तदा एव तत्र साक्षात् परे आम् अस्ति चेदेव तत्र किं त्रयः इति आदेशः इति परनिमित्तिकत्वम् इत्युक्ते अव्यवहितरूपेण तत्र मित्तं साक्षात् परे अस्ति चेदेव तत्र कार्यम्.
उत्तम. उभयोः सूत्रयोः प्रसङ्गे परनिमित्तिकत्वम् अस्ति इत्युक्ते त्रयस्त्रयः सूत्रम् आम् प्रत्ययपरे कार्यं करोति त्रिषु लिङ्गेषु, त्रिचतुरो स्त्रियां तिसृचतस्र इति सर्वेभ्यः विभक्तिप्रत्ययेभ्यः परं कार्यं करोति, षष्टिविभक्ति बहुवचनप्रत्ययं विहाय इति. अग्रिमं वाक्यं वदतु.
स्त्रियाम् इत्यस्य अर्थनिमित्तिकत्वं स्वीक्रियते चेत् एतत् तिस्र आदेशः बहिरङ्गं भवति त्रयस्त्रयः इति सूत्रं प्रति. किमर्थ अर्थनिमित्तिकत्वम् इत्युक्ते अत्र एतत् स्त्रियामपि निमित्तरूपेण स्वीकुर्मः चेत् निमित्तरूपेण स्वीकुर्मः चेत् तत्र किं तत्र एतत् सूत्रं तेन कारणेन तत्र अर्थनिमित्तिकत्वम् आयाति, अतः सः बहिरङ्गं भवति त्रयस्त्रयः इति सूत्रस्य प्रति.
इत्युक्ते अत्र अन्तर्भूतत्वं नास्ति अन्तरङ्गप्रसङ्गे, किन्तु अल्पनिमित्तिकत्वम् एव कारणमस्ति. अल्पनिमित्तिकत्वेन एव त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति. कथम् अन्तरङ्गत्वं भवति तस्य इत्युक्ते स्त्रियां शब्दस्य अर्धनिमित्तिकत्वं स्वीक्रियते चेत् त्रयस्त्रयः इति सूत्रे किमपि अर्धनिमित्तं नास्ति खलु.
आम्, तत्र किमपि अर्थनिमित्ति तत्र केवलं तत्र यः अस्ति तत्र शब्दनिमित्तिकम् एव तत्र तस्मिन् सूत्रे अस्ति, अपि च तत्र यः इत्युक्ते तत्र यः पूर्वे वयं दृष्टवन्तः तत्र नागेशभट्टस्य मतेन अपि च भाष्यकारस्य मतेन तत्र यः निमित्तं तस्मिन् परिभाषायां यः निमित्तं लिखितम् अस्ति केवलं शब्दरूपी निमित्तिकम् एव स्वीकरणीयं, न तु अर्थरूपी निमित्तिकं. सो अत्र त्रिचतुरो स्त्रियां तिसृचतुस्र सूत्रे केवलं तत्र स्त्रियाम् इति निमित्तरूपेण न स्वीकरणीयं, यद्यपि तत्र तस्मिन् दशायां कार्यं भवति परन्तु निमित्तरूपेण तत् न स्वीकरणीयं.
भवती किं कृतवती इत्युक्ते अन्तिमं सोपानं वदन्ति अस्ति, अन्तिमं सोपानं मास्तु, अत्र तु सोपानक्रमेण चिन्तनं दत्तमस्ति इत्युक्ते स्त्रियाम् इति शब्दस्य अर्धनिमित्तिकत्वं स्वीक्रियते चेत् समस्या जायते तस्मिन् प्रसङ्गे पठन्ती अस्ति, वदतु.
इत्युक्ते भगिनी वयं किम् अत्र वाट् वी आर् डिस्कसिङ्ग् अर्थनिमित्तिकत्वं किमर्थं न स्वीकरणीयं, किमर्थं चेत् तत्र पूर्वे वयं दृष्टवन्तः भाष्यकारः वदति केवलं शब्दरूपी निमित्तिकम् एव स्वीकरणीयं. सो निमित्तम् इत्युक्ते तत्र कारणं, कार्यस्य यः कारणम् अस्ति, हेतुः अस्ति. सो तत्र यः सूत्रे यदि कोऽपि अर्थनिमित्तिकत्वम् अस्ति तस्य तत्र न स्वीकरणीयम्।
स्वीकुर्मः चेत् का समस्या जायते इति पठन्तः स्मः खलु। वदतु।
अनेन कारणेन तत्र सूत्रं कुर्मः अर्थनिमित्तिकत्वं स्वीकुर्मः चेत् तत्र बहिरङ्गं भवति, सूत्रं बहिरङ्गं भवति। सो यतोहि त्रयस्त्रयः इति सूत्रे किमपि अर्थनिमित्तं नास्ति, तत्र तु किमपि अर्थनिमित्तिकं केवलं शब्दनिमित्तिकम् अस्ति। अनेन कारणेन अन्तरङ्गत्वात् त्रयादेशः प्राप्तिः। सो तत्र यदि वयं स्त्रियाम् इति अर्थनिमित्तिकम् अपि स्वीकुर्मः, निमित्तिकम् अपि स्वीकुर्मः चेत् तत्र किं भवति, तत् बहिरङ्गं भवति, अतः तत्र स्त्रियामपि त्रयादेशः भवितुम् अर्हति, त्रयादेशस्य प्राप्तिः इति अत्र लिखितमस्ति।
आदौ एवं चिन्तयतु, स्त्रियाम् इति शब्दस्य अर्धनिमित्तिकत्वं स्वीकुर्मः चेत् तत् त्रयस्त्रयः सूत्रस्य कृते अल्पनिमित्तिकत्वं भवति, त्रिचतुरोस्त्रियां तिसृचतस्रसूत्रस्य कृते बहुनिमित्तिकत्वं भवति, स्त्रियाम् इति निमित्तमपि स्वीकुर्मः चेत् अर्धनिमित्तरूपेण स्वीकुर्मः चेत् तत्र त्रीणि निमित्तानि आवश्यकानि भवन्ति। अल्पनिमित्तिकत्वात् त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति, अन्तरङ्गत्वात् तस्य प्राप्तिः भवति। अग्रे वदतु।
अस्यां दशायां तिस्र आदेशस्य अभावात् तिस्र आदेशस्य दीर्घप्राप्तिः अपि न भवति, इत्युक्ते तत्र अल्पनिमित्तिकत्वम् आधारेण तत्र अन्तरङ्गं स्वीकुर्मः चेत् त्रिस्थाने त्रय आदेशः भवति चेत् तत्र यः दीर्घ आदेशः, इत्युक्ते तत्र अभाव तिस्र नास्ति तत्र, इत्युक्ते आदेशस्य अभावात् अस्यां दशायां तिस्र आदेशस्य अभावात् तिस्र आदेशस्य दीर्घप्राप्तिः अपि न भवति,
इत्युक्ते तिस्र आदेशस्य प्राप्तिः एव नास्ति, तिस्र आदेशस्य प्राप्तिः एव नास्ति चेत् तस्य दीर्घत्वं कुतः भवति। प्रथमसोपाने एव त्रयादेशस्य प्राप्तिः भवति चेत् तत्र तिस्र आदेशस्य प्राप्तिः एव नास्ति, तिस्र आदेशस्य प्राप्तिः नास्ति चेत् तत्र दीर्घत्वप्राप्तिः अपि न भवति,
इत्युक्ते तत्र सूत्रं व्यर्थं भवति, इत्युक्ते तत्र तिस्र इति तिस्र इति रूपस्य आधारेण एव महर्षिणा न तिस्र चतस्र इति सूत्रस्य निर्माणं कृतम्। अतः तत्र यदि वयं तिस्र तत्र न कुर्मः चेत् न तिस्र चतस्र इति सूत्रं तत्र व्यर्थं भवति, तस्य तु कोऽपि आवश्यकता एव तत्र ग्रन्थे नास्ति, परन्तु तत् सूत्रम् अस्ति इतः अतः तत्र
चिन्तनं
करणीयम्।
तथा अस्ति, अन्तरङ्गमस्ति इति कारणतः त्रयस्त्रयः इति सूत्रस्य कारणेन त्रयादेशप्राप्तिः भवति चेत् तिस्र आदेशस्य अभावः, तिस्र आदेशस्य अभावात् दीर्घत्वप्राप्तिः एव न भवति, तेन कारणेन दीर्घत्वनिषेधकसूत्रमपि व्यर्थं भवति, तत् मा भवतु, एकमपि सूत्रं व्यर्थं मा भवतु अष्टाध्यायीग्रन्थे इति पाणिनेः आशयः अस्ति। अस्मिन् अवसरे एव इतोपि चिन्तनमस्ति, अग्रिमपरिच्छेदमपि पठतु।
यदि च त्रयादेशस्य अनन्तरं स्थानिवद् भावेन तिस्र आदेशः उच्येत् तदा च तस्य दीर्घे सति दीर्घत्वनिवारणार्थं न तिस्र चतुस्र इत्यस्य अवसरः स्यात् इति कथनेन अपि न भवति, यतोहि यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घ आदेशः अपि अन्तरङ्गम्। अन्तरङ्गत्वात् दीर्घ अनन्तरं स्थानिवद् वत्त्वेन यदि तिस्र आदेशः स्यात् पुनः लक्ष्ये लक्ष्यन्यायेन दीर्घ आदेशः न भवति। अस्यां दशायां न तिस्र चतुस्र इति दीर्घनिषेधकसूत्रं व्यर्थं भवति एव, अस्य निवारणार्थम् अर्थनिमित्तिकत्वं न स्वीक्रियते।
अत्र बहु किमपि अस्ति।
यदि च त्रयादेशस्य अनन्तरं स्थानिवद् भावेन तिस्र आदेशः उच्येत्,
अत्र उच्येत इति रूपं दत्तमस्ति, उच्येत इति कर्मणि विधिलिङ्गरूपं, वच् धातोः कर्मणि विधिलिङ्गरूपम् अस्ति, उच्येते इति कर्मणि लट् अस्ति, उच्येत इति कर्मणि विधिलिङ्गरूपम् अस्ति। पूर्वस्मिन् परिच्छेदे किं पठितम्, अन्तरङ्गत्वात् त्रयस्त्रयः इति सूत्रेण त्रयादेशस्य प्राप्तिः भवति. त्रयादेशस्य प्राप्तेः अनन्तरं स्थानिवद्भावेन तिसृ आदेशः भवति. स्थानिवद्भावेन तिसृ आदेशः, तस्य अर्थः कः वदतु.
इत्युक्ते तत्र स्थानिवद्भावेन इत्युक्ते तत्र यः एक अल्विहायी यः आदेशः भवति सः प्रायशः स्थानिवद् तत्र अतिदेशसूत्रम् अस्ति. स्थानिवद् तस्य स्वभावः भवति.
बहु सम्यक्. तस्मिन् प्रसङ्गे इतोपि मम अवगमनम् एवमस्ति, किञ्चित् वदामि. पश्यन्तु, त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिसृ आदेशः उच्येत इति लिखितमस्ति. स्थानिवद्भावः इति एकः सिद्धान्तः, तत् सम्बद्धं सूत्रम् एकमस्ति. स्थानिवदादेशो अनल्विधौ इति सूत्रमस्ति. स्थानिवदादेशः अनल्विधौ इति उक्तमस्ति. स्थानिवत् आदेशः, आदेशः स्थानिवत् अनल्विधौ. अल्विधिः नाम किम्, अनल्विधिः नाम किम् इति तत्र विषयः अस्ति. अस्य कृते एव एकः पाठः अपि अस्ति. स्थानिवदादेशो अनल्विधौ, स्थानिवदादेशो अनल्विधौ इति सूत्रस्य प्रसङ्गे सूत्रार्थः कः इति प्रश्ने सति. स्थानी अस्ति खलु सूत्रेषु. स्थानिनः स्थाने कस्यचित् अपि वर्णस्य आदेशः भवति चेत् सः आदेशः स्थानिवत् भवति. स्थानिनः स्थाने यः आदेशः भवति सः आदेशः स्थानिवत् भवति. इत्युक्ते कः? इत्युक्ते स्थानिनि ये ये गुणधर्माः सन्ति ते गुणधर्माः आदेशे अपि भवन्ति इति अर्थः. उदाहरणार्थं भुवादिगणे एकः धातुः अस्ति, पा इति धातुः अस्ति. पा धातोः लट्लकाररूपं पिबति अस्ति. भुवादिगणीय पा धातोः प्रसङ्गे क्षितिपरे एकेन विशिष्टदीर्घसूत्रेण पाघ्राध्मा स्थाम्ना इति एकं दीर्घं सूत्रमस्ति. तेन सूत्रेण पा स्थाने पिब आदेशः भवति. स्थानिवदादेशो अनल्विधौ इति सूत्रस्य प्रसङ्गः तत्र किमर्थम् अस्ति इत्युक्ते पा इति धातुः अस्ति. पा इति धातौ ये ये गुणधर्माः सन्ति ते गुणधर्माः एव पिब इति आदेशे अपि भवन्ति. वस्तुतः पिब इति धातुः नास्ति, किन्तु पा इति धातुः, पा इति धातुः अस्ति इति कारणतः तत्र स्थानिवदादेशो अनल्विधौ इति सूत्रेण पास्थाने पिब आदेशः भवति. सः आदेशः अनल्विधिः अस्ति, अल्विधिः नास्ति. इत्युक्ते वर्णाश्रितं कार्यं नास्ति, अनल्विधिः अस्ति इति कारणतः सः पिब इति आदेशः पात् इति धातोः स्थाने आयाति इति कारणतः पा इति धातोः गुणधर्माः ये ये सन्ति ते गुणधर्माः आदेशे अपि भवन्ति. अतः पिब इत्यस्य अपि धातुसंज्ञा आगच्छति. पा इत्यस्य धातुसंज्ञा वस्तुतः तु अस्ति एव, किन्तु पास्थाने यदा पिब आदेशः भवति पिब इति वस्तुतः धातुः नास्ति चेदपि पिब इत्यस्य धातुसंज्ञा आगच्छति. इत्युक्ते स्थानिनि ये गुणधर्माः सन्ति ते गुणधर्माः आदेशे अपि भवन्ति इति सूत्रार्थः. तस्य सूत्रस्य प्रसङ्गे इतोपि किं ज्ञातव्यम् इत्युक्ते तत् सूत्रम् अष्टसु स्थलेषु कार्यं करोति. स्थानिवदादेशो अनल्विधौ इति सूत्रम् अष्टसु स्थलेषु कार्यं करोति. अष्टसु स्थलेषु स्थानिवद्भावः भवति. स्थानी अङ्गमस्ति चेत्, अङ्गस्य स्थाने किमपि आदेशः भवति चेत् सः आदेशः अङ्गसंज्ञां प्राप्नोति. आदेशः स्थानिवत् भवति. इत्युक्ते स्थानी अङ्गमस्ति चेत् आदेशः अपि अङ्गसंज्ञां प्राप्नोति, अथवा स्थानी अङ्गमस्ति चेत् आदेशस्य अपि अङ्गसंज्ञा भवति. एवमेव स्थानी प्रत्ययः अस्ति चेत् प्रत्ययस्य स्थाने किमपि आदेशः भवति चेत् आदेशस्य अपि प्रत्ययत्वं भवति. एवमेव अष्टसु स्थलेषु इदं सूत्रं कार्यं करोति. अस्मिन् सूत्रे भागद्वयमस्ति. प्रथमभागेन स्थानिवद्भावः भवति. अस्मिन् सूत्रे एव स्थानिवद्भावनिषेधः अपि अस्ति. तत्र किं लिखितं? स्थानिवदादेशो अनल्विधौ इति उक्तमस्ति. स्थानिवद् आदेशः अनल्विधिः अस्ति चेत् भवति, अल्विधिः अस्ति चेत् न भवति. अल्विधिः इति कथनेन वर्णाश्रितं कार्यं सारांशत्वेन संक्षेपेण वक्तव्यं चेत् आदेशः स्थानिवत् भवति. स्थानिनि ये गुणाः सन्ति ते गुणाः आदेशे अपि उपस्थिताः भवन्ति. किन्तु अल्वर्णम् आश्रित्य विधिः अस्ति चेत् तत्र स्थानिवदादेशः न भवति. इदं सूत्रम् अतिदेशसूत्रं. वदतु.
इत्युक्ते यदि वयम् एतत् उदाहरणं पश्यामः चेत् पा स्थाने यः पिब् आदेशः भवति तत्र पा मध्ये तत्र यः अनल् गुणः इत्युक्ते अनल् अल् आश्रित्यः गुणः विहाय ते सर्वे गुणाः पिब् मध्ये अपि आयान्ति स्थानिवद्भावेन. परन्तु पा इति धातुः आकारान्त् धातुः. सो आकारान्त् वदामः चेत् अल् आश्रित्यः इत्युक्ते आ इति अल् अस्ति. सो तत्र परन्तु पिब् इति यः आदेशः सः आकारान्त् न अस्ति. किमर्थं चेत् सः अल् आश्रित्यः गुणः. अतः तत्र आकारान्त् धातु अनन्तरं ये कार्याणि ते पिब् अनन्तरं न भवितुम् अर्हति इति तस्य अर्थः.
बहु सम्यक्. स्थानिवदादेशो अनल्विधौ. अनल्विधिः अस्ति चेदेव स्थानिवदादेशः भवति. अल्विधिः अस्ति चेत् स्थानिवदादेशः न भवति. अल्विधिः इति कथनेन वर्णाश्रितं कार्यम्. अल् इत्युक्ते वर्णः खलु. सर्वाणि व्यञ्जनानि सर्वे स्वराः मिलित्वा अल् इति वदामः खलु. इदं सूत्रम् अतिदेशसूत्रं. भगिनी किञ्चित् वदतु, अतिदेशसूत्रं किमर्थं वदामः? स्थानिवदादेशो अनल्विधौ इति सूत्रेण स्थानिवद्भावः भवति. इदं सूत्रम् अतिदेशसूत्रं किमर्थम्?
अत्र यः आदेशः तस्य उपरि तत्र यः स्थानिनस्य तत्र स्वभावः आरोपितं भवति अतः अतिदेशसूत्रम्.
बहु सम्यक्. आदेशस्य स्वभावः स्थानी इव आदौ नास्ति, किन्तु स्थानिनः स्वभावः आदेशे अपि अध्यारोप्यते अतः अतिदेशसूत्रम्. इदं सूत्रं परिभाषासूत्रम् अपि. किमर्थं परिभाषासूत्रम्?
इत्युक्ते यस्मिन् सूत्रे तत्र ब्रह्म जायते तत्र एतत् सूत्रम् आगत्य सहायता करोति अतः.
परिभाषासूत्रमपि. विधिसूत्रं नास्ति खलु. अनेन सूत्रेण कार्यं विधिकार्यं न भवति, केवलं सूत्रस्य कार्यार्थं साहाय्यं करोति. अत्र तु समस्या आगता इत्युक्ते तिसृणाम् इति रूपसाधनवेलायां समस्या आगता. अत्र स्थानिवद्भावेन तिस्र आदेशः उच्येत इति उक्तमस्ति. अस्मिन्नेव प्रसङ्गे अष्टसु स्थलेषु कार्यं करोति इति उक्तवती खलु. स्थानी धातुः अस्ति चेत् तस्य स्थाने आदेशः अपि धातुः भवति. इत्युक्ते धातुस्वभावः आयाति आदेशे अपि. स्थानी अङ्गमस्ति चेत् आदेशस्य अपि अङ्गसंज्ञा भवति. एवमेव स्थानी कृत् प्रत्ययः अस्ति चेत् आदेशे अपि कृत् प्रत्ययत्वम् आयाति. स्थानी तद्धित् प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः भवति चेत् सः आदेशः तद्धित प्रत्ययत्वं प्राप्नोति. एवमेव स्थानी अव्ययम् अस्ति चेत् इदं सूत्रं कुत्र आयाति? स्थानिवदादेशो अनल्विधौ इति सूत्रं क्त्वा ल्यप् अनयोः प्रसङ्गे अवश्यम् आयाति. क्त्वा स्थाने ल्यप् प्रत्ययः आयाति यदि उपसर्गः अस्ति चेत् इति वदामः खलु. तत्र स्थानिवदादेशो अनल्विधौ इति सूत्रम् आयाति. इतोपि किमस्ति अस्मिन् सूत्रे? स्थानी सुप् प्रत्ययः अस्ति चेत् सुप्रत्ययस्य स्थाने आदेशः भवति चेत् सः आदेशः सुप्त्वं प्राप्नोति, सुप् प्रत्ययत्वं प्राप्नोति. यद्यपि सः आदेशः सुप् नास्ति तथापि स्थानिवदादेशो अनल्विधौ इति सूत्रेण सः आदेशः सुप्रत्ययत्वं प्राप्नोति. अस्मिन् प्रसङ्गे एव अग्रिमे परिच्छेदे एकम् उदाहरणं दत्तमस्ति, सुबन्त उदाहरणं. रामाय इति रूपसाधनवेलायां स्थानिवदादेशो अनल्विधौ इति सूत्रेण स्थानिवद्भावः कथं भवति इति अवगन्तुम् उदाहरणम् अस्मिन् करपत्रे दत्तमस्ति. स्थाने सुप् प्रत्ययः अस्ति चेत् तस्य स्थाने कस्यचित् आदेशः भवति चेत् सः आदेशः सुप्त्वं प्राप्नोति. एवम् अष्टसु स्थलेषु अस्य कार्यं भवति. स्थानिवद्भावः अष्टसु स्थलेषु भवति. अल्विधिः अनल्विधिः अनयोः प्रसङ्गे स्पष्टतया ज्ञातव्यम्. तस्मिन् प्रसङ्गे एकः पाठः अस्ति, चिन्ता मास्तु. स्थानिवदादेशो अनल्विधौ इति सूत्रेण सामान्यतया किं भवति, स्थानिनि ये गुणधर्माः सन्ति ते गुणधर्माः आदेशे अपि भवन्ति, आदेशः स्थानिवत् भवति इति सूत्रार्थः. सामान्यतया आदेशः स्थानिवत् भवति. अत्र त्रयस्त्रयः, त्रिचतुरोस्त्रियां, तिस्रु चतस्रु अनयोः प्रसङ्गे स्थानिवदादेशो अनल्विधौ सूत्रेण स्थानिवद्भावं स्वीकुर्मः चेत् किं भवति? स्थानिवद्भावं करोतु. त्रयस्त्रयः, त्रिचतुरोस्त्रियां, तिस्रु चतस्रु इत्यत्र
त्रि इति यः त्रयः यः आदेशः सः तिस्र इति तस्य उपरि तिस्र स्वभावः आयाति वा इति नागतम्.
पूर्वस्मिन् परिच्छेदे त्रयादेशः भवति इति उक्तं खलु.
इदानीं त्रयादेशस्य अनन्तरं स्थानिवद्भावेन तिस्र आदेशः
भवति इति चिन्तयतु. अत्र सारांशः न उक्तः, चिन्तनमस्ति, केवलं चिन्तनं. पूर्वं त्रयादेशः भवति, अन्तरङ्गत्वात् त्रयादेशः भवति त्रयस्त्रयः सूत्रेण. अग्रिमे सोपाने स्थानिवद्भावेन त्रय इत्यत्र प्रातिपदिकं तु त्रि एव अस्ति इति कारणतः तिसृ आदेशः भवति. केन सूत्रेण? त्रिचतुरोस्त्रियां, तिसृ चतस्रु इति सूत्रेण एव स्थानिवद्भावेन. स्थानिवद्भावेन इति कथनेन तत्र आशयः कः? प्रातिपदिकं त्रि एव अस्ति, प्रातिपदिकं त्रि एव तत्र अस्ति इति चिन्तयामश्चेत् यद्यपि त्रयादेशः उक्तः पूर्वं, किन्तु स्थानिवद्भावः अस्ति. व्याकरणप्रसङ्गे पक्षद्वयमस्ति खलु, पूर्वपक्षमस्ति उत्तरपक्षमस्ति. पूर्वपक्षी वदति स्थानिवद्भावेन तत्र त्रि इति प्रातिपदिकमेव अस्ति, अन्तरङ्गत्वात् त्रयादेशस्य प्राप्तिः भवति इति उक्तं चेदपि अत्र स्थानिवद्भावेन त्रि इति प्रातिपदिकमेव अस्ति, न तु त्रय. अतः त्रिचतुरोस्त्रियां, तिसृ चतस्रु इति सूत्रेण तिसृ आदेशः भवति. अग्रे
तदा च तस्य दीर्घे सति.
केन सूत्रेण दीर्घत्वं भवति तदा? स्थानिवद्भावेन त्रिस्थाने तिस्र आदेशः भवति, पश्चात् दीर्घत्वं केन सूत्रेण भवितुं शक्नोति? नामी सूत्रेण भवितुं शक्नोति, किन्तु दीर्घत्वनिवारणार्थं न तिस्र चतस्र इत्यस्य अवसरः भवति खलु. एवं चिन्तनेन अपि अत्र समस्या जायते.
तत् न भवति, यतोहि यया रीत्या समानरीत्या तत्र तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति.
एतावत्पर्यन्तं नरेश महोदय, भवान् किम् अवगतवान् वदतु.
भगिनि, स्थानिवद्भावः तु पूर्णतया न अवगतं, परन्तु तस्य पूर्वम् अहं स्त्रियां तत्र अर्थवत् अस्ति, पिच् शब्दे अस्ति, तत् किं भिन्नम् अहं न पूर्णतया अवगतम्. स्त्रियाम् अत्र क्लेशः अस्ति, स्त्रियां यदि वयं निमित्तिकं स्वीकरणीयं तदा क्लेशः अस्ति. यदि शब्दनिमित्तिकं कुर्मः तदा किं भवति? तदपि अहं न जानामि. किं शब्दनिमित्तिकं किम् अस्ति, अर्थनिमित्तिकं किम् अस्ति अत्र स्त्रियां विषये?
सूत्रद्वयं स्वीकृत्य चिन्तनं कुर्वन्तः स्मः वयं. त्रिचतुरोस्त्रियां, तिसृ चतस्र, त्रयस्त्रयः, अनयोः द्वयोः प्रसक्तिः तिसृणाम् इत्यत्र अस्ति खलु. पश्चात् त्रयस्त्रयः सूत्रस्य कृते अल्पनिमित्तिकत्वम् अस्ति, त्रिचतुरोस्त्रियां, तिसृ चतस्र कृते बहुनिमित्तिकत्वम् अस्ति. इत्युक्ते स्त्रियाम् इति एकम् अधिकं निमित्तम् अस्ति तत्र. यस्य बहूनि निमित्तानि भवन्ति तत् सूत्रं बहिरङ्गं भवति. अतः त्रयस्त्रयः इति सूत्रम् अन्तरङ्गं भवति. अन्तरङ्गसूत्रं स्वीकृत्य कार्यं कुर्मः चेत्, अन्तरङ्गत्वात् त्रयादेशं कुर्मः चेत् तत्र तिसॄणाम् इति रूपं न सिद्ध्यति. स्त्रीलिङ्गे अपि स्त्रयाणाम् इति रूपमेव सिद्ध्यति. तत्र समस्याद्वयं जायते. अन्तरङ्गत्वात् त्रयस्त्रयः इति सूत्रस्य कार्यं कुर्मः चेत् समस्याद्वयम् आयाति. एकमस्ति अनिष्टरूपापत्तिः, अन्यदस्ति न तिसृ चतस्र इति सूत्रं व्यर्थं भवति. त्रयस्त्रयः इति सूत्रस्य अन्तरङ्गत्वात् तस्य प्राप्तिः भवति चेत् समस्या जायते इति पूर्वस्मिन् परिच्छेदे लिखितम्। अस्मिन् परिच्छेदे किं लिखितम्? अस्तु, त्रयादेशस्य प्राप्तिः भवति इति चिन्तयतु, किन्तु अत्र पूर्वपक्षी वदति त्रयादेशस्य प्राप्तिः भवति चेदपि तत्र स्थानिवद्भावः इति एकेन सिद्धान्तेन, यः आदेशः स्थानिवत् भवति तत्र त्रिस्थाने त्रयादेशः भवति खलु, अतः यद्यपि त्रिस्थाने त्रयादेशः भवति तत्र तु प्रातिपदिकं त्रि एव अस्ति, त्रि इति प्रातिपदिकमेव स्वीकुर्मः, त्रिस्थाने त्रय आदेशः अभवत्, अतः तत्र स्थानिवद्भावेन त्रि इति प्रातिपदिकमेव अस्ति इति चिन्तयामश्चेत् इदानीं त्रिचतुरोस्त्रियां तिस्रचतस्रसूत्रेण तिस्र आदेशः भवति इति चिन्तयतु। तिस्र आदेशः भवति चेत् पश्चात् तत्र नामी सूत्रस्य प्रसङ्गः आयाति, ह्रस्वनद्यापो नुट् इति सूत्रेण आम् प्रत्ययस्य नुट् आगमः भवति इत्यतः तिस्रयोगः नाम् इति स्थितिः अस्ति। तिस्रयोगः नाम् इति स्थितिः अस्ति चेत् तत्र नामी सूत्रस्य प्रसङ्गः अस्ति, दीर्घत्वनिवारणार्थं न तिस्रचतस्र इति सूत्रम् आगत्य नामी सूत्रेण यत् दीर्घत्वम् आगन्तव्यं तद्दीर्घत्वं निषिध्यते न तिस्रचतस्र इति सूत्रेण। एतत् सर्वं भवति इति वदामश्चेदपि तत्र समस्या अस्ति इति उक्तमस्ति एतावत्पर्यन्तम्। अग्रिमे परिच्छेदे तदेव लिखितमस्ति, न तिस्रचतस्र इत्यस्य अवसरः स्यात् इति कथनेन अपि न भवति, तत्र समस्या अस्ति। का समस्या इति प्रश्ने सति अत्र नीलं भगिनी भवती वदतु, समस्या का इति प्रश्ने सति, तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गमस्ति, यया रीत्या तिस्र आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गमस्ति तया रीत्या एव वदतु,
तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घ आदेशः अपि अन्तरङ्गम्।
तदपि चिन्तनीयम्। पूर्वतनेषु वाक्येषु किम् उक्तमस्ति? स्थानिवद्भावेन तिस्र आदेशः भवति, पश्चात् ह्रस्वनद्यापो नुट् सूत्रेण नुट् आगमः भवति, प्रत्ययस्य आगमः भवति, पश्चात् नामे सूत्रेण दीर्घत्वप्रसक्तिः अस्ति, किन्तु न तिस्रचतस्त्रीत्यनेन दीर्घत्वप्राप्तिः न भवति, दीर्घत्वं निषिध्यते इति चिन्तयामश्चेदपि तत्र समस्या अस्ति। समस्या का इति प्रश्ने सति, यादृशरीत्या तिस्र आदेशस्य प्रसङ्गे त्रयादेशः इति सोपानम् अन्तरङ्गं भवति, इत्युक्ते पूर्वस्मिन् परिच्छेदे किं चिन्तितम्? त्रिचतुरोस्त्रियाम् इति बहिरङ्गं भवति, त्रयस्त्रयः इति अन्तरङ्गं भवति इति उक्तं खलु, एवमेव अत्रापि द्वयोः सूत्रयोः मध्ये चिन्तनमस्ति। त्रिचतुरोस्त्रियां नामि द्वयोर्मध्ये, त्रिचतुरोस्त्रियां नामि अनयोर्मध्ये किं चिन्तनमस्ति? नामि प्रसङ्गे निमित्तद्वयमस्ति, भगिनी वदतु नामी सूत्रे निमित्तद्वयं किम्?
नामी सूत्रे तु तत्र आम् प्रत्ययः परे तत्र नामी इति तत्र प्रत्ययः यत्र नुटागमः भवति, आम् प्रत्ययस्य कृते यः नुटागमः भवति ह्रस्वनिध्यापो नुट् इत्यनेन, तदा तत्र यः तस्य पूर्वे न इदानीं यः नाम् इति यः इदानीं तत्र प्रत्ययः नुटागमस्य अनन्तरं भवति तस्य निमित्तरूपेण साक्षात् परे अस्ति चेत् तत्र तस्य पूर्वे साक्षात् पूर्वे ह्रस्व अङ्गम् अस्ति चेत् तस्य अजन्त अङ्गस्य दीर्घ भवति, इत्युक्ते तत्र यदि तत्र ह्रस्व अजन्त अङ्गम् अस्ति चेत् तस्य दीर्घ आदेशः नामी सूत्रेण भवति। अत्रापि तिस्र इति यः अस्ति, तिस्रयोगनाम् इति यः अस्ति प्रत्ययः, तत्र सकारस्य अनन्तरं यः ऋकारः सः ह्रस्व, अतः तत्र तस्य सूत्रस्य प्रसक्तिः अस्ति।
भगिनि अत्र किं चिन्तनम् इत्युक्ते, यथा वयं पूर्वं चर्चितवन्तः त्रिचतुरोस्त्रियां त्रयस्त्रयः इत्यत्र यादृशं चिन्तनं कृतवन्तः, अन्तरङ्गं बहिरङ्गम् इति चिन्तनं कृतवन्तः, तादृशं चिन्तनमेव अत्रापि करणीयम्। इत्युक्ते त्रिचतुरोस्त्रियां तिस्रचतस्र नामि अनयोर्मध्ये अत्र चिन्तनमस्ति। इदानीं त्रिचतुरोस्त्रियां तिस्रचतस्र इति सूत्रे स्त्रियाम् इति शब्दस्य अर्धकृतनिमित्तं स्वीकुर्मः चेत् अधिकानि निमित्तानि भवन्ति तस्य कृते, त्रिचतुरोस्त्रियां तिस्रचतस्र सूत्रस्य कृते अत्रापि बहुनिमित्तिकत्वं भवति, नामी सूत्रस्य प्रसङ्गे अर्धकृतनिमित्तं नास्ति, नामिसूत्रस्य प्रसङ्गे अर्धकृतनिमित्तं नास्ति, किन्तु त्रिचतुरोस्त्रियां तिसृचतस्रि इत्यस्मिन् स्त्रियाम् इति एकम् अधिकं निमित्तम् अस्ति. नामिसूत्रस्य कृते केवलं निमित्तद्वयमेव अपेक्षितम् अथवा नामिसूत्रस्य प्रसङ्गे अल्पनिमित्तिकत्वम् अस्ति. त्रिचतुरोस्त्रियां तिसृचतस्रि इति सूत्रे बहुनिमित्तिकत्वम् अस्ति इति कारणतः अस्मिन् सोपाने अपि यादृशरीत्या पूर्वं चिन्तनं कृतवन्तः तथा एव अत्रापि चिन्तनं करणीयम्. त्रि इति प्रातिपदिकम् अस्ति, आम् इति विभक्तसंज्ञकप्रत्ययः अस्ति, स्त्रियाम् इति एकम् अधिकं निमित्तम् अस्ति. त्रिचतुरोस्त्रियां तिसृचतस्रु कृते त्रिचतुरोस्त्रियां तिसृचतस्रु इति सूत्रस्य बहुनिमित्तिकत्वम् अस्ति, तस्य कृते अधिकानि निमित्तानि अपेक्षितानि भवन्ति. त्रिचतुरोस्त्रियां तिसृचतस्रु सूत्रस्य कार्यार्थं त्रीणि निमित्तानि आवश्यकानि भवन्ति, किन्तु नामिसूत्रस्य कृते केवलं निमित्तद्वयमेव अपेक्षितमस्ति, अतः तत् सूत्रम् अन्तरङ्गं भवति. अन्तरङ्गं भवति चेत् अन्तरङ्गसूत्रेण कार्यं करणीयं खलु? नामिसूत्रम् अन्तरङ्गं भवति चेत्, नामिसूत्रस्य कार्यं भवति चेत् किं रूपं सिद्ध्यति? त्रिचतुरोस्त्रियां तिसृचतस्रु त्रयस्त्रयः, अनयोर्मध्ये चिन्तनं पूर्वस्मिन् परिच्छेदे कृतवन्तः. अत्र त्रिचतुरोस्त्रियां तिसृचतस्रु नामि, अनयोर्मध्ये चिन्तनं कुर्वन्तः स्मः. अत्र नामि इति सूत्रम् अन्तरङ्गं भवति. किमर्थं चेत् त्रिचतुरोस्त्रियां तिसृचतस्र इत्यत्र स्त्रियाम् इत्यस्य अर्धनिमित्तिकत्वं स्वीकुर्मः, अतः तत् सूत्रं बहिरङ्गं भवति, नामि इति अन्तरङ्गं भवति. अन्तरङ्गं भवति इति कारणतः तेन कार्यं कुर्मः चेत् किं भवति वदतु?
यः सोपानम् अस्ति इत्युक्ते प्रथमे तु त्रियोग आम्, त्रियोग आम् कुर्मः चेत् तत्र वयं दृष्टवन्तः इति यः त्रिचतुरस्त्रियाम् इति बहिरङ्गं भवति, अर्थनिमित्तिकत्वं स्वीकुर्मः चेत् सः बहिरङ्गं भवति, अतः तत्र त्रयादेशः इदानीं तत्र अस्ति. सो त्रयायोग आम् भवति चेत् तस्मिन् सोपाने तत्र स्थानिवद्भावेन तत्र त्रिचतुरस्त्रियाम् इति सूत्रस्य प्रसक्तिः अपि च नामी सूत्रस्य प्रसक्तिः. सो अत्रापि तादृशरीत्या एव त्रिचतुरस्त्रियाम् इति यः सूत्रमस्ति सः अर्थनिमित्तिकत्वेन तत्र किं भवति, बहिरङ्गं भवति, अतः तत्र कदापि तत्र तिस्र आदेशः न भवितुमर्हति.
तया एव रीत्या तिस्र आदेशस्य अपेक्षया दीर्घादेशः अपि अन्तरङ्गम्. दीर्घादेशः केन सूत्रेण भवति? नामिसूत्रेण भवति. इत्युक्ते अत्र नामिसूत्रं त्रिचतुरोस्त्रियां तिसृचतस्र अनयोर्मध्ये चिन्तनम् अस्ति. अत्र त्रिचतुरोस्त्रियां तिसृचतस्र इति बहिरङ्गं भवति, नामिसूत्रम् अन्तरङ्गं भवति. अन्तरङ्गत्वात् किं भवति? अन्तरङ्गमस्ति इति कारणतः दीर्घत्वं कुर्मः. दीर्घत्वं कुर्मः चेत् तत्र किं भवति इति, किं रूपं भवति?
त्रयाणाम् इति भवति, त्रयाणाम् इति भवितुम् अर्हति.
त्रयाणाम् इति रूपं भवति, तेन किं का आपत्तिः? त्रयाणाम् इति रूपं भवति चेत् अनिष्टरूपापत्तिः भवति, सूत्रं व्यर्थं भवति. अतः पुनः स्थानिवद्भावं कुर्मः. वदतु.
परन्तु इदानीं तु तत्र स्थानिवद्भावेन अपि तत्र समस्या जायते, तत्र न कर्तुं शक्यते इति तत्र भवति न.
अग्रे पठनीयं खलु? नामिसूत्रस्य अन्तरङ्गत्वात् दीर्घानन्तरमपि स्थानिवद्भावेन यदि तिस्रो आदेशः भवति इत्युक्ते तत्र नामिसूत्रस्य कार्यं कुर्मः. नामिसूत्रस्य कार्यं कुर्मः चेत् तत्र किं रूपं सिद्ध्यति? त्रया इति दीर्घयुक्तं रूपं सिद्ध्यति. त्रय इति आदेशः भवति खलु, किन्तु नामिसूत्रेण त्रयायोगः नाम् इति स्थितिः अस्ति. तस्यां दशायां स्थानिवद्भावं कुर्मः चेत् तत्र त्रि इति रूपमेव अस्ति, यद्यपि त्रया इति रूपं तत्र दृश्यते, तथापि स्थानिवद्भावं कुर्मः चेत् त्रि इति प्रातिपदिकमेव अस्ति इति चिन्तयित्वा त्रिचतुरोस्त्रियां तिसृचतस्र सूत्रेण तिस्र आदेशं कुर्मः चेत् किं भवति? तत्र तिस्र योगः नाम् इति स्थितिः अस्ति. तदा चिन्तनद्वयमस्ति. एकदेशविकृतम् अनन्यवत् इति चिन्तनमायाति. एकदेशविकृतम् अनन्यवत् इति सूत्रेण त्रय इत्यस्य रूपं त्रया इति भवति चेदपि मूलरूपं तु एकमेव, शुनकः अस्ति, शुनकस्य पुच्छं नास्ति चेदपि शुनकः शुनकः एव. एवमेव अत्रापि त्रया इति रूपम् अस्ति चेदपि तस्य प्रातिपदिकं तु त्रि एव अस्ति इति मत्वा स्थानिवद्भावेन तिस्र आदेशं कुर्मः चेत् समस्या का? पुनः तत्र लक्ष्यलक्षणन्यायेन दीर्घादेशः न भवति. इत्युक्ते लक्ष्यलक्षणन्यायः इति एकः न्यायः अस्ति, तेन न्यायेन एकस्मिन् स्थले एकं कार्यम् एकवारमेव भवतु, न तु द्वितीयवारं. लक्ष्यम् इत्युक्ते सूत्रं. लक्ष्ये लक्ष्यसाधनवेलायां रूपसाधनवेलायां सूत्रम् एकवारमेव कार्यं करोति, न तु द्विवारम्. अत्र अन्तरङ्गत्वात् नामी सूत्रेण दीर्घत्वं कृत्वा पश्चात् स्थानिवद्भावं कुर्मः चेत् तत्र तिस्र आदेशः भवति चेत् पुनः तत्र नामीसूत्रस्य प्रसङ्गः एव न भवति. किमर्थं चेत् तत्र लक्ष्ये लक्षणन्यायः इति न्यायः आयाति, तेन दीर्घादेशः न भवति, दीर्घादेशस्य प्रसक्तिः एव नास्ति, अतः न तिसृचतस्रि इति सूत्रं व्यर्थं भवति. अत्र स्थानिवद्भावं कुर्मः चेदपि अर्धनिमित्तिकत्वं स्वीकुर्मः चेत् समस्या जायते. भवती वक्तुमिच्छति वा? भवती किम् अवगतवती?
इत्युक्ते अत्र यः तत्र वयं पूर्वे तत्र अर्थनिमित्तिकत्वं स्वीकुर्मः चेत् अनन्तरं तस्य वयं रूपं तु जानीमः, तत्र तिस्रनाम एव रूपम् अस्ति. सो तादृशरूपस्य कृते वयं स्थानिवद्भावेन आधारेण अपि तत्र चिन्तनं कुर्मः चेत् पुनः तत्र रूपं तु वयं तत्र साधयामः, परन्तु तत्र न तिस्र चतुस्र यः सूत्रम् अस्ति सः तस्य कोऽपि सः व्यर्थं भवति. सो तथा मा भवेत् इति तत्र यः समस्या अस्ति तस्य निवारणं न भवितुम् अर्हति यदि वयं स्थानिवद्भावेन अपि चिन्तनं कुर्मः चेत्. अतः तत्र किञ्चित् भिन्नचिन्तनं करणीयम् इति अत्र लिखितम् अस्ति. अतः तत्र स्त्रियाम् इति यः अर्थनिमित्तिकत्वम् अस्ति, अपि च तत्र यः बहिरङ्गम् अपि च अन्तरङ्गम् अस्ति, तस्य विषये पुनः तत्र किञ्चित् तत्र द्रष्टव्यं तु अग्रे तत्र मे बि दत्तमस्ति.
मया किम् अवगतम् इत्युक्ते पूर्वस्मिन् परिच्छेदे त्रयस्त्रयः त्रिचतुरोस्त्रियां तिसृचतसृ अनयोः मध्ये चिन्तनम् अस्ति. त्रिचतुरोस्त्रियां तिसृचतसृ इत्यत्र स्त्रियाम् इति एकम् अधिकं निमित्तम् अस्ति इत्यतः तत् सूत्रं बहिरङ्गं भवति, त्रयस्त्रयः इति अन्तरङ्गं भवति. अन्तरङ्गं भवति इत्यतः तस्य कार्यं भवति, तस्य कार्यं भवति चेत् तिस्रादेशः नास्ति, अतः दीर्घत्वप्राप्तेः प्रसङ्गः नास्ति, अतः सूत्रं व्यर्थं भवति इति चिन्तयितुं शक्नुमः. किन्तु तस्यां दशायाम् अन्यः वदति तत्र स्थानिवद्भावं कुर्मः, त्रयादेशस्य प्रसङ्गे स्थानिवद्भावं कुर्मः चेत् तत्र त्रि इति प्रातिपदिकम् अस्ति इति एव चिन्तयामश्चेत् स्थानिवद्भावेन, स्थानिवद्भावः इत्युक्ते स्थानिनः स्थाने यः आदेशः भवति सः आदेशः स्थानिवत् भवति इति सूत्रार्थः. स्थानिवद्भावं कुर्मः चेत् त्रयादेशः भवति चेदपि तत्र त्रि इति प्रातिपदिकमेव अस्ति इति चिन्तयित्वा अग्रे स्वरामश्चेत् तत्र तिस्र आदेशः भवति इति वदामश्चेदपि तत्र समस्या अस्ति. त्रिचतुरोस्त्रियां तिसृचतसृ नामि अनयोः सूत्रयोः प्रसङ्गे अपि चिन्तनं करणीयं. तत्र समस्या का इत्युक्ते नामी सूत्रं तत्रापि अन्तरङ्गं भवति, त्रिचतुरोस्त्रियां तिसृचतसृ इति बहिरङ्गं भवति. किमर्थं चेत् त्रिचतुरोस्त्रियां तिसृचतसृ इत्यस्मिन् स्त्रियाम् इति एकम् अधिकं निमित्तमस्ति. स्त्रियाम् इति शब्दस्य अर्धनिमित्तिकत्वं स्वीक्रियते चेदेव एषा समस्या. अतः स्त्रियाम् इत्यस्य अर्धनिमित्तिकत्वं मा स्वीकरोतु इति अत्र अस्ति. स्त्रियाम् इति शब्दस्य अर्धनिमित्तिकत्वं स्वीक्रियते चेत् तत्र अनिष्टरूपापत्तिः इति एका समस्या. द्वितीया समस्या, न तिसृचतस्र इति सूत्रं दीर्घनिषेधकसूत्रं व्यर्थं भवति. किन्तु अस्मिन्नेव प्रसङ्गे अग्रिमेषु परिच्छेदेषु दत्तमस्ति, तत्र इतोपि स्पष्टतया अवगन्तुं शक्नुमः. स्थानिवद्भावः इत्यस्य अवगमनार्थम् अन्यत् उदाहरणं दत्तमस्ति. नरेश् महोदय, भवान् पठतु.
स्थानिवद्भावः नाम कः इति चेत् आदेशस्य स्वभावः स्थानिवत् भवति. दृष्टान्ते चतुर्थी विभक्तौ राम योगने इति स्थितौ नेर्यः इत्यनेन अतः अङ्गात् नेः यः भवति नाम अन्तात् अङ्गात् ने प्रत्ययस्य स्थाने य आदेशो भवति राम योग ने राम योग य अत्र सुपि च इत्यनेन अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यनादि सुप्रत्ययपरे सुप्रत्यय प्रत्याहारे सु इत्यस्मात् आरभ्य सुप् पर्यन्तं ये प्रत्ययाः ते सुपि अन्तर्भूताः सु औजस् अम् औट् शस् ताभ्यां भिस् नेभ्यां भ्यस् नसिभ्यां भ्यस् नस् ओस् आम् नि ओस् सु अधुना य आदेशः यद्यपि यनादिः किन्तु सुप् नास्ति अतः सुपि च इत्यस्य प्रसक्तिः न स्यात् किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावो अपि तथा स्थानिनः स्वभावस्य सुपि अध्याहृते य प्रत्ययस्य सुप्त्वात् सुपि च इत्यस्य प्रसक्तिः भवति रामयोग य सुपि च इत्यनेन अदन्ताङ्गस्य दीर्घादेशः रामाय इति रूपं सिद्ध्यति अत्र स्थानिवद् आदेशो अनल्विदो विधौ इति देशसूत्रम् आदेशः स्थानिना तुल्यं भवति किन्तु स्थानिसम्बद्धस्य अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति किञ्चित् कठिनम् अस्ति अत्र स्थानिवद्भावः दत्तमस्ति एकः तु चतुर्थी विभक्ति किं भवति सुप्रत्ययस्य तत्र चतुर्थी विभक्ति ने अस्ति रामयोग ने
महोदय स्थानिवद्भावः नाम कः वदतु
स्थानिवद्भावः कः इति चेत् आदेशस्य स्वभावः स्थानिवद् भवति
उदाहरणार्थं पुंलिङ्ग चतुर्थी विभक्ति एकवचनरूपं दत्तमस्ति राम इति प्रातिपदिकस्य चतुर्थन्तं रूपं किम् अस्ति
रामाय भवति
रामाय भवति तत्र राम इति प्रातिपदिकमस्ति ने इति प्रत्ययः
ने प्रत्ययः अस्ति अतः तत्र सूत्रः अस्ति नेर्यः
ने इति प्रत्ययस्य स्वभावः कः ने इति प्रत्यये के के गुणधर्माः सन्ति
अत्र अस्ति अतः अङ्गात् नेः यः भवति ने ने स्थाने य भवति
नेर्यः इति सूत्रेण अतः अङ्गात् नेः यः भवति इति सूत्रार्थः ने इति प्रत्ययस्य स्थाने य आदेशः भवति इति सूत्रार्थः नेर्यः इति सूत्रेण तत् सूत्रं कुत्र कार्यं करोति अतः अङ्गात् अतः इति कथनेन
अतः तत् अकारस्य परे अस्ति चेत्
अदन्तम् अङ्गमस्ति चेत् तत् कार्यं भवति अदन्तम् इति कथनेन तत्र तपरकरणं कृतमस्ति अतः इत्यत्र तपरकरणं कृत्वा लिखितमस्ति अदन्तम् अङ्गं स्यात् राम इति अदन्तम् अङ्गं खलु ह्रस्व अकारान्तम् अङ्गमस्ति इत्युक्ते इदं सूत्रं ह्रस्व अकारान्त अङ्गेषु एव कार्यं करोति नेर्यः इति सूत्रेण अदन्त अङ्गात् परं ने प्रत्ययः अस्ति चेत् तस्य स्थाने य इति आदेशः भवति ने प्रत्ययस्य स्वभावः कः अथवा ने प्रत्यये के के गुणधर्माः सन्ति ने इत्यत्र ण्यकारः इति संज्ञकः खलु तत्र केन सूत्रेण ञकारस्य इति संज्ञा भवति?
हलन्त्यं
लशक्वतद्धिते.
ओ ने, अस्तु अस्तु, लशक्वतद्धिते.
लशकु इति उक्तमस्ति खलु, कु इति कथनेन कवर्गीयव्यञ्जनानि, कख गघ ञ इति वदामः खलु. अतः ञे इति प्रत्ययः ञकारः तत्र अस्ति. ञकारः लश्चक्वतद्धिते इत्यनेन इत्संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति. अतः अयं प्रत्ययः अजादिप्रत्ययः. ये इति वर्णः अचुवर्णः खलु. अयं प्रत्ययः सुप् प्रत्ययः इत्युक्ते एकविंशति सुप् प्रत्ययेषु अन्यतमप्रत्ययः अयं ञे प्रत्ययः. ञे प्रत्ययः सुप् प्रत्ययः इत्युक्ते ञे प्रत्ययस्य सुप् इति संज्ञा अस्ति. ञे इत्यस्य प्रत्ययसंज्ञा अपि अस्ति. ञे इत्यस्य सुप् संज्ञा अस्ति, प्रत्ययसंज्ञा अस्ति. किन्तु यः आदेशः अभवत्, आदेशः कः? ञे प्रत्ययस्य स्थाने य आदेशः भवति खलु. या इत्यस्य सुप् संज्ञा अस्ति वा? अत्र वदतु अग्रे किं लिखितम्.
अधुना य आदेशः यद्यपि यनादि किन्तु सुप् नास्ति. आम्, सुप् नास्ति, अतः सुपि च इत्यस्य प्रसक्तिः न स्यात्. य आदेशः तु सुपि नास्ति, सुप् प्रत्ययः नास्ति, यनादि अस्ति, किन्तु स्थानिवद्भावेन स्थानिनः स्वभावः यथा आदेशस्य स्वभावो अपि तथा. अस्तु, सुप्रत्यय ने स्थाने आगच्छति, अतः तत् सुप् तत् स्वभावः भवति.
सुपि च सूत्रस्य कार्यं कुत्र भवति? ञेर्यः इति सूत्रेण अतः अङ्गात् परं ञे प्रत्ययस्य स्थाने या आदेशः भवति इत्युक्ते अदन्त अङ्गात् ञे प्रत्ययस्य स्थाने या आदेशः भवति इति उक्तम्. ञेर्यः इति सूत्रार्थः अवगतः. सुपि च सूत्रं किं करोति?
सुपि च तत्र तु वयं पठितवन्तः. सुपि च
अत्रैव लिखितं खलु.
स्वभावस्य सुपि अध्यते य प्रत्यय सुप्य सुप्त्यात् सुपि च इत्यस्य कुत्र लिखितम् अस्ति?
अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशः भवति ययादि सुप्रत्यये परे इति निमित्तं लिखितम् अस्ति.
आमामाम्, दीर्घादेशो भवति.
इत्युक्ते सुपि च सूत्रेण किं कार्यं भवति? अदन्त अङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशः कदा भवति? ययादि सुप्रत्यये परे भवति. राम इति प्रातिपदिकात् चतुर्थीरूपं रामाय इति रूपं भवति. आदौ ञेर्यः इति सूत्रेण ञे प्रत्ययस्य स्थाने या आदेशः भवति, पश्चात् सुपि च सूत्रेण अदन्तम् अङ्गमस्ति राम इति, तस्य अन्ते स्थितस्य अकारस्य दीर्घादेशः भवति ययादि सुप्रत्यये परे इति लिखितमस्ति. अत्र यः आदेशः अभवत् या इति आदेशः ययादिः एव, किन्तु सुप् नास्ति. सुप्रत्याहारे के के प्रत्ययाः सन्ति?
सु औ जस् अम् औस् ताभ्यां भिस् नेभ्यां भ्यस् नसिभ्यां भ्यस् नस् ओस् आम् नि ओस् सुप्.
एतेषु प्रत्ययेषु या इति प्रत्ययः नास्ति. इत्युक्ते यः आदेशः अभवत् सः आदेशः सुप्रत्ययः नास्ति, किन्तु ययादिः एव, ययादिः एव किन्तु सुप् नास्ति. अधुना या आदेशः यद्यपि ययादिः, यः आदेशः या आगतः सः ययादिः एव किन्तु सुप् नास्ति. अतः सुपि च प्रसक्तिः न भवति, किन्तु सुपि च सूत्रस्य प्रसक्तिः भूत्वा रामाय इति रूपम् आगतं कथम्?
यतः तत् यकारस्य तत्र सुप् स्थाने आगच्छति, ने स्थाने आगच्छति.
अत्र यः आदेशः या इति आदेशः यः आदेशः अभवत् सः आदेशः ययादिः एव, किन्तु सुप् प्रत्ययः नास्ति, अतः सुपि च सूत्रस्य कार्यं न भवितुं शक्नोति. किन्तु लोकव्यवहारे तु रामाय इति पदम् अस्ति, रामाय इति साधुरूपमेव, अतः इष्टरूपसाधनार्थम् अत्र एकं परिभाषासूत्रम् आगत्य साहाय्यं करोति. स्थानिवदादेशो अनल्विधौ इति सूत्रमागत्य साहाय्यं करोति, परिभाषासूत्रमागत्य साहाय्यं करोति. अपि च अतिदेशसूत्रमस्ति इत्यतः स्वभावः अध्यारोप्यते. अत्र यद्यपि या इत्यस्मिन् प्रत्यये सुप्त्वं नास्ति, तथापि ञे इति प्रत्यये सुप्त्वम् अस्ति. ञे इति प्रत्यये यत् सुप्त्वम् अस्ति तत् सुप्त्वं या इति प्रत्यये अध्यारोप्यते. स्थानिवदादेशो अनल्विधौ इति सूत्रेण अतिदेशसूत्रेण सुप्त्वं या इति प्रत्यये अध्यारोप्यते. तेन या इति प्रत्ययः सुप् इव व्यवहरति, खलु? वदतु.
अत्र यदा तत् सुप्रत्यय स्थाने आगच्छति य, अतः तत्वद् भवति, अतः तत्र दीर्घदेश भवति. तत् अत्र अतिसूत्रं स्थानिवद् आदेशो अनल्विदो कार्यं करोति.
इतोपि किं लिखितं? स्थानिनः स्वभावस्य सुपि अध्याहृते. अत्र सतिसप्तमी प्रयोगः अस्ति. स्थानिनः स्वभावस्य सुपि अध्याहृते. ञे इति प्रत्ययः स्थानी अस्ति. स्थानिनः स्वभावः कः इत्युक्ते ञे प्रत्ययस्य स्वभावः कः? ञे प्रत्ययः सुप्रत्ययः इत्युक्ते ञे प्रत्यये सुप्त्वम् अस्ति, सुप्रत्ययत्वम् अस्ति. तत् सुप् प्रत्ययत्वं या इति प्रत्यये अध्यारोप्यते, अतः सुपि च सूत्रस्य प्रसक्तिः अत्र भवितुं शक्नोति. अतः एव सुपि च सूत्रेण कार्यं भूत्वा इत्युक्ते अदन्ताङ्गस्य दीर्घादेशः भूत्वा रामाय इति रूपं सिध्यति. अत्र अन्तिमं वाक्यं किं लिखितम्?
आदेशः स्थानिना तुल्यं भवति, किन्तु स्थानिसम्बद्धस्य अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. तत्तु न जानामि किमस्ति अत्र.
अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. सूत्रे किमुक्तमस्ति? स्थानिवद् आदेशः अनल्विधौ. विसर्गसन्धिकार्यं कृत्वा इदं सूत्रं लिखितमस्ति. अत्र पदद्वयमस्ति, स्थानिवद् आदेशः अनल्विधौ. स्थानिवदादेशः कदा भवति? अनल्विधौ भवति. अल्विधिः अस्ति चेत् न भवति. अल्वर्णस्य आश्रयं कृत्वा विधिः भवति चेत् तदा आदेशः स्थानिवत् न भवति. नीलं भगिनि, भवती वदतु.
भगिनि, एकवारं अल्विधौ अनल्विधौ किम् अस्ति अहं न अवगतम्.
नीलं भगिनि, अत्र किं चिन्तनमस्ति
इत्युक्ते तत्र वयं पूर्वे दृष्टवन्तः भगिनि, तत्र पा स्थाने यः पिब् आदेशः, पिब् मध्ये तु पा मध्ये तत्र अनल् गुणः के इति वदामः चेत् पा इति धातुसंज्ञा उपदेशकधातुः, अपि च पा अल् 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 आश्रितेन तत्र आकारान्त धातुः, अनल् आश्रितेन तत्र धातुसंज्ञा. सो पिब् यः अस्ति शब्दसमूहः, यः पा स्थानिनः स्थाने यः आदेशः भवति पिब् इति आदेशः, तस्मिन् तु अनल् आश्रित्य गुणः आयाति. इत्युक्ते यः पा स्थाने यः धातुसंज्ञा, तत् धातुसंज्ञा तु आयाति, परन्तु आकारान्त गुणः यः पा मध्ये अस्ति, अल् आश्रित्य यः गुणः, सः पा मध्ये न आयाति. इत्युक्ते तत्र पा आश्रित्य य कार्याणि, यथा तत्र आतां पुग्नौ इति अत्रि ह्रि उलि रि कनुयि शमायि आतां पुग्नौ इति सूत्रेण आकारान्त धातुः निच् प्रत्ययस्य योजनेन तत्र पुक् आगमः भवति. सो पिब् योग निच् कुर्मः चेत् तत्र पुक् आगमः न भवितुम् अर्हति. किमर्थं चेत् पुक् इति आगमः अल् आश्रित्य विधिः. सो तादृशगुणः पिब् मध्ये न आयाति, अल् आश्रितगुणः पिब् मध्ये न आयाति, परन्तु पिब् मध्ये धातुगुणः आयाति, तथा हि अत्र अपि अस्ति। रामयोग य यः अस्ति तत्र य मध्ये तत्र यः तत्र अत्र तु कोऽपि अल् आश्रित्यकार्यं नास्ति, परन्तु नेयः स्पत्वं यः गुणः अस्ति इत्युक्ते अल् अनल् आश्रित्यगुणः, सः एव तत्र यकारे आयाति, य इति आदेशे आयाति, न तु कोऽपि अल् आश्रित्यः गुणः। इत्युक्ते तत्र यथा तत्र इको गुण तत्र यः ई स्थाने यः अयादेशः यन् सन्धि यः भवति, यदा तत्र ई स्थाने य आदेशः भवति, ई अपगच्छति तस्य स्थाने, तत्र इको यनचि इति सूत्रद्वारा यन् आदेशः भवति, अनन्तरं तत्र यः य आदेशः सः य अल् आश्रित्यः तत्र तत्र ई ई इति तस्य स्वभावः न आयाति, इत्युक्ते तत्र य स्वीकुर्मः चेत् तत्र अचसन्धिः न भवति, इत्युक्ते ई इस् इक्वल् टु य इस् इक्वल् टु ई तत् न तत्र भवति। सो तत्र य इति यः अस्ति तत्र ईत्वं न आयाति, इकारस्य गुणः न आयाति, अल् आश्रित्यगुणः तस्मिन् न आयाति, तत्रापि ई स्थाने य आदेशः, स्थानिवद्भावः तत्र न तस्य तत्र न स्वीकरणीयं, किमर्थं चेत् तत्र अल् आश्रित्यः गुणः यकारे न आयाति, अतः तत्र अनन्तरं सन्धिः न भवति, तत्र एव तत् स्थगति, तत्र न अनन्तरं न भवति, इत्युक्ते इत्वम् इति गुणः यकारे न आगन्तुं शक्यते, अतः अनल् विधौ इति लिखितमस्ति।
महोदय चिन्ता मास्तु, अस्य कृते एकः पाठः एव अस्ति, स्थानिवद् आदेशो अनल् विधौ इति प्रसङ्गे। स्थानिवद् आदेशः कदा भवति? स्थानिवद् आदेशः अनल् विधौ अनल् विधिः अस्ति चेदेव स्थानिवद् आदेशः भवति, अल् विधिः अस्ति चेत् स्थानिवद् आदेशः न भवति। इत्युक्ते अस्य सूत्रस्य कार्यद्वयम् अस्ति, अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् स्थानिवद् आदेशः न भवति, अनल् विधिः अस्ति चेत् स्थानिवद् आदेशः भवति।
वयं वक्तुं शक्यते यदि तत्र ने स्थाने य आदेशः, सो ने स्थाने य आदेशः तत्र स्पत्व सुपिति गुणः तो य मध्ये आयाति, सपोज य ययादि न आसीत् चेत् तत्र तत्रापि सुपि च इति सूत्रं कार्यं न कर्तुं शक्यते, किमर्थं चेत् ययादि इति गुणः अल् आश्रित्यगुणः, परन्तु यकारे स्वयं ययादि गुणः अस्ति, यकारः स्वयं ययादि अस्ति, परन्तु सुपि न अस्ति, सो सुपि इति गुणः कुत्र आयाति? नेप्रत्ययस्य स्थानिनः गुणः अत्र आगन्तुं शक्यते, परन्तु यदि सपोज य इति ययादि न आसीत् तत्र तत्रापि समस्या जायते, तत्र सुपि च सूत्रं कार्यं न कर्तुं शक्यते, परन्तु य मध्ये तु अल् यः ययादि इति गुणः स्वयम् अस्ति तस्मिन् एव अस्ति, ययादि अस्ति, परन्तु सुपि इति गुणः ने आदेशस्य गुणः आयाति इति तत्र
मया किम् अवगतम् इत्युक्ते ञे स्थाने या प्रत्ययः आगतः ञे इत्यस्मिन् प्रत्यये सुप्त्वम् अस्ति, तत् सुप्त्वमेव स्वीकुर्मः चेत् या इत्यस्मिन् आदेशे सुप्त्वम् अध्यारोप्यते, इदं कार्यम् अनल् विधिः, अल् आश्रितं कार्यं नास्ति, वर्णाश्रितं कार्यं नास्ति, ञे इति प्रत्यये यत् सुप् प्रत्ययत्वम् अस्ति तत् प्रत्ययत्वं या इत्यस्मिन् आदेशे अपि तत् प्रत्ययत्वम् अध्यारोप्यते, तत् कार्यम् अनल् विधिः, अल् आश्रितं कार्यं नास्ति, किन्तु यथा भगिनी उक्तवती यै इति निमित्तं स्वीकृत्य तस्य अध्यारोपणं भवति चेत् तत् कार्यम् अल् आश्रितं कार्यं भवति, तदा स्थानिवद्भावः न भवति इति चिन्तयित्वा अग्रे सरेम। किन्तु अस्य सूत्रस्य भागद्वयम् अस्ति, एकः भागः विधिकार्यम्, अन्यत् कार्यं निषेधककार्यम्। अल्विधिः अस्ति चेत् स्थानिवदादेशः न भवति इति निषेधककार्यम्, अनल्विधिः अस्ति चेत् स्थानिवदादेशं कुर्मः इति विधायकसूत्रम्।
तत्र अपवादः तत्र सन्ति, अस्मिन् सूत्रे अपि अपवादः, केवलम् अपवादः इत् संज्ञकवर्णस्य विषये एव अपवादः, इत्युक्ते यः इत् संज्ञकवर्णः अस्ति सः अपि अल् आश्रित्यः अस्ति, इत्युक्ते इत् संज्ञक तु एकमेव वर्णस्य इत् संज्ञा भवति, यथा तत्र वयं यथा भवती उक्तवती तत्र ल्यप् इति प्रत्ययस्य आदेशः, सो ल्यप् इति प्रत्यये तत्र तत्र कृत् प्रत्ययः कस्य स्थाने ल्यप् इति त्वा इति आम् त्वा इति प्रत्ययस्य स्थाने ल्यप् इति आदेशः भवति यदा तत्र उपसर्ग योजयामः. सो त्वा इति प्रत्यये की के के स्वभावः इति पश्यामः चेत् कृत् प्रत्ययः प्रथमे तु कृत् प्रत्ययः कृत् स्वभावः तस्मिन् अस्ति. सो कृत् स्वभावः अनल् स्वभावः इत्युक्ते अल् आश्रितस्वभावः नास्ति अनल् स्वभावः.
आर्धधातुकस्य एड् वलादेः इति सूत्रेण आर्धधातुककृत् प्रत्ययस्य आदौ वल् प्रत्याहारस्थवर्णः अस्ति चेत् इडागमः भवति इति कार्यम् अल् आश्रितं कार्यं खलु.
अपि च तत्र कित्वमपि अस्ति,
कित्वमस्ति इति कारणतः क्त्वा प्रत्यये परे अपि गुणकार्यं न भवति, ल्यप् प्रत्यये परे अपि गुणकार्यं न भवति.
परन्तु कित्वं तु अल् आश्रितः तत्र स्वभावः, इत्युक्ते कित् इति वदामः चेत् एकमेव ककारस्य इत्, परन्तु इत् इत् संज्ञकविषये अत्र अपवादः, इत्युक्ते यद्यपि इत् संज्ञा अल् आश्रित्यः अस्ति तथापि तत्र तस्य स्वभावः इत् संज्ञकवर्णस्य स्वभावः अस्मिन् आयाति, अतः तत्र उपकृत्य इति भवति, तत्रापि गुणः न भवति, क्रूधातु गुणः न भवति ल्यप् प्रत्ययस्य अनन्तरं, किमर्थं चेत् तस्मिन् कित्वमपि आयाति. सो तत्र अपवादः इत् संज्ञकवर्णस्य विषये अपवादः, परन्तु सामान्य अल् आश्रित्यः यः स्वभावः तत्तु न आगन्तुं शक्यते, इत् संज्ञा विशेषः अस्ति इति तत्र
मम अवगमनम् अस्ति. क्त्वा ल्यप् अनयोः प्रसङ्गे क्त्वा प्रत्ययस्य स्थाने ल्यप् आयाति इति कृत्वा तत्र स्थानिवदादेशो अनल् विधौ इति सूत्रस्य प्रसङ्गः अस्ति, किन्तु स्थानिवदादेशः तत्र कदा भवति? अलाश्रितं कार्यम् अस्ति चेत् स्थानिवदादेशः न भवति, अलाश्रितं कार्यम् इत्युक्ते वर्णनिमित्तिकं कार्यम् अस्ति चेत् स्थानिवदादेशः न भवति, स्थानिवत् न प्रवर्तते आदेशः इति अर्थः अस्ति. क्त्वा प्रत्ययस्य प्रसङ्गे इडागमः भवति, क्त्वा प्रत्ययस्य प्रसङ्गे इडागमः भवति इत्युक्ते क्त्वा प्रत्ययस्य अनुबन्धलोपे सति त्वा एव अवशिष्यते, तकारः वलादिः, अतः आर्धधातुकस्य वलादेः नेड् वशीकृति सूत्रद्वयेन क्त्वा इति प्रत्ययः इडनुकूलप्रत्ययः, किन्तु तादृश इडनुकूलत्वं ल्यप् इत्यस्मिन् प्रत्यये अपि आयाति वा स्थानिवद्भावेन इति चिन्तयामश्चेत् वल् प्रत्याहारस्थवर्णः प्रत्ययस्य आदौ अस्ति इति कारणतः आर्धधातुकस्य वलादेः सूत्रेण क्त्वा इति प्रत्ययः इडनुकूलप्रत्ययः भवति, किन्तु क्त्वा प्रत्ययस्य स्थाने ल्यपादेशः भवति, कृत् प्रत्ययस्य स्थाने आदेशः भवति चेत् यः आदेशः भवति तस्यापि कृत् प्रत्ययत्वं सिध्यति इति खलु तस्य अर्थः. तथापि तत्र इदनुकूलता इति विषयः वर्णनिमित्तिकं कार्यमस्ति, अल्वर्णम् आश्रित्य तत् कार्यं भवति, अलाश्रितं कार्यमस्ति, वर्णाश्रितं कार्यमस्ति इडागमत्वं.
वलादि इति निमित्तम् अस्ति सप्तमी, अतः तत् अल् आश्रित्यः कार्यम्. आम् सत्यं सत्यं भगिनि
वदतु.
तथैव अस्ति. आम् सत्यम्, अलाश्रित्यः कार्यम् इडागमः, अलाश्रित्यकार्यम्
इडागमः, अल् आश्रयं कृत्वा तत् कार्यं भवति, किन्तु तत्र स्थानिवद् आदेशः न भवति. स्थानिवत् आदेशस्य स्वभावः भवति इति कथयामश्चेत् तत्र अल् आश्रितं कार्यं मा भवतु, अल् आश्रितं कार्यम् अस्ति चेत् इत्युक्ते वर्णाश्रितं कार्यमस्ति चेत् तत्र स्थानिवद्भावः न भवति, आदेशः स्थानिवत् न प्रवर्तते अल्व आश्रितं कार्यमस्ति चेत् इति अर्थः अस्ति. क्त्वा ल्यप् अनयोः प्रसङ्गे इडागमयोग्यत्वम् इति क्त्वा प्रत्यये अस्ति, किन्तु ल्यप् प्रत्यये तादृशस्वभावः न अध्यारोप्यते. किमर्थं चेत् तत् कार्यम् अलाश्रितं कार्यमस्ति, अपि च ल्यप् इत्यत्र अनुबन्धलोपे सति या इति वर्णः आदिमवर्णः अस्ति, वल् प्रत्याहारे यकारः नास्ति, वलि यकारं विहाय अन्यानि व्यञ्जनानि सन्ति इति कारणतः आर्धधातुकस्य वलादेः इति सूत्रेण इडागमः तकारादिप्रत्ययेषु भवति इति विषयः ल्यप् प्रसङ्गे न अध्यारोप्यते. किमर्थं चेत् तत् कार्यं वर्णाश्रितं कार्यम्, अतः तत्र स्थानिवदादेशः न भवति. किमर्थं चेत् तत् कार्यम् अल् विधिः, अतः एव इदं वाक्यं लिखितमस्ति. आदेशः स्थानिना तुल्यं भवति, आदेशः स्थानिवत् भवति, किन्तु स्थानिसम्बद्धस्य अल्वर्णस्य आश्रयं कृत्वा विधिः अस्ति चेत् तुल्यं न भवति. इत्युक्ते अल् आश्रितं कार्यमस्ति चेत् तदा आदेशः स्थानिवत् न भवति. तुल्यमित्युक्ते स्थानिवत्. स्थानिवत् आदेशः न भवति कदा अल्वर्णाश्रितं कार्यमस्ति चेत्. रामाय रूपसाधनवेलायां तत्र ञे इति प्रत्यये यत् सुप्त्वम् अस्ति तत् सुप्त्वं या इत्यस्मिन् आदेशे अध्यारोप्यते, तत् कार्यं वर्णाश्रितं कार्यं नास्ति, अनल् विधिः. अतः स्थानिवदादेशं कृत्वा चिन्तयामश्चेत् तत्र या इति प्रत्यये सुप्त्वम् अस्ति इति चिन्तयितुं शक्नुमः. सुप्त्वम् अस्ति इति चिन्तयितुं शक्नुमः चेदेव सुपि च सूत्रस्य प्रसक्तिः, तस्य कार्यम् अपि. तदानीम् एव राम इति अदन्तङ्गस्य दीर्घादेशः भूत्वा रामाय इति रूपं साधयितुं शक्नुमः. सुन्दरमहोदय, भवान् वदतु अग्रे.
प्रकृते स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वे सति बहिरङ्गत्वात् त्रयादेशः भवति. त्रियोगे आम् त्रयस्त्रयः इत्यनेन आमि प्रत्यये परे त्रयादेशः. त्रययोगे आम् ह्रस्वनाद्यापो नुट् इत्यनेन ह्रस्वात् अङ्गात् आम् प्रत्ययस्य नुट् आगमः भवति. त्रययोगे नामि प्रत्यये परे नामि इत्यनेन अजन्त अङ्गस्य दीर्घादेशः भवति नाम् प्रत्यये परे. त्रया योगे नाम इति.
प्रकृते इत्युक्ते
अस्मिन् सन्दर्भे इति अर्थः.
अस्मिन् उदाहरणे
स्त्रियाम् इत्यस्य अर्थनिमित्तकत्वे सति बहिरङ्गत्वात् त्रय आदेशः भवति. स्त्रियाम् इत्यस्य त्रय आदेशः भवति.
कस्य बहिरङ्गत्वात्?
बहिरङ्गत्वं स्त्रियाम् इत्यस्य बहिरङ्गत्वात्.
अत्र किं चिन्तनमस्ति?
त्रिचतुरो स्त्रिया तिस्रचतस्र इत्यस्य बहिरङ्गत्वात्
इत्यस्य
अत्र त्रय आदेशः भवति. त्रयादेशः
केन सूत्रेण त्रयादेशः भवति?
त्रयादेशः
त्रयस्त्रयः
त्रयः ओके त्रयस्त्रयः इति सूत्रेण त्रय आदेशः भवति.
त्रिचतुरोस्त्रियां तिस्रचतस्र इत्यस्मिन् सूत्रे स्त्रियाम् इति पदमस्ति. स्त्रियाम् इत्यस्य अर्धनिमित्तिकत्वं स्वीकुर्मः चेत् तत् सूत्रं बहिरङ्गं भवति. त्रयस्त्रयः इति अन्तरङ्गं भवति. अन्तरङ्गमस्ति इति कारणतः त्रयादेशः भवति. त्रि इति प्रातिपदिकस्य स्थाने त्रय इति आदेशः भवति. वदतु.
तदा त्रि इति स्थाने त्रय इति आदेशः भवति. तदनन्तरं त्रि योगे आम् प्रत्यये परे त्रय योगे आम् इति भवति. तदनन्तरं ह्रस्वनद्यापो नुट् इति सूत्रेण नुट् आगमः भवति.
आम् प्रत्ययस्य नुट् आगमः खलु?
आम् प्रत्ययस्य एव नुट् आगमः.
किमर्थं तत्र प्रत्ययस्य आदौ आयाति?
टित् प्रत्ययः अस्ति किल, इति आद्यन्तौ टकितौ इति सूत्रेण आम् प्रत्ययस्य पूर्वम् आगच्छति.
इत्युक्ते आम् इति प्रत्ययस्य आदिम अवयवः भवति. ह्रस्वनद्यापो नुट् सूत्रस्य कार्यम् अत्र किमर्थं भवति? अत्र निमित्तं किम् अस्ति?
अत्र निमित्तम् अस्ति आम् प्रत्ययः परे स्थिते सति.
अत्र अङ्गं कीदृशमस्ति?
अङ्गम् अदन्तम् अङ्गम् अस्ति.
ह्रस्वान्त अङ्गम् इति वक्तव्यं.
ह्रस्व अदन्तम् ह्रस्व अङ्गं भवति.
ह्रस्वान्तम् अङ्गं किम्?
त्रय इति ह्रस्व अङ्गम्.
त्रय इति ह्रस्वान्तम् अङ्गम् अस्ति. आम् इति प्रत्ययः अस्ति. नुट् इति आगमः टित् अस्ति इति कारणतः आम् प्रत्ययस्य आदिम अवयवः भवति. भवान् वदतु.
नुट् आगमः भवति. त्रय योगे नाम् इति स्थितौ. अधुना त्रय इति नाम् योगे नाम् इति स्थितौ. नामी प्रत्यय नामी इति प्रत्यये परे अजन्तस्य अङ्गस्य दीर्घ आदेशः भवति. नाम् प्रत्यये परे नाम् प्रत्यये परे स्थिते सति त्रय इति अङ्गस्य दीर्घ आदेशः भवति नाम् प्रत्यये परे इति कारणतः त्रय योगे नाम् इति स्थितौ. त्रया योगे नाम् इति भवति. त्रयाणाम् इति रूपं विद्यते.
त्रयाणाम् इति रूपं भवति चेत् स्त्रीलिङ्गे असाधुरूपं खलु?
स्त्रीलिङ्गे असाधुरूपमेव. अहं
स्त्रियाम् इत्यस्य अर्धनिमित्तिकत्वं स्वीकुर्मः चेत् समस्या जायते. पुंलिङ्गवत् त्रयाणाम् इति रूपं सिध्यति. तद्रूपम् असाधुरूपं भवति. अत्र नामे सूत्रेण अजन्ताङ्गस्य दीर्घादेशः भवति चेत् तत्र परिवर्तितं रूपं किमस्ति?
परिवर्तितं रूपं तिसृणाम् इति.
न अत्र नामे सूत्रस्य कार्यं भूत्वा त्रया इत्यस्य रूपं किं भवति?
त्रया इति रूपं त्रया इति भवति दीर्घत्वेन. दीर्घ भवति नामी प्रत्यये परे नाम प्रत्यये परे अजन्तस्य सोरि ह्रस्व अङ्गस्य दीर्घादेशो भवति इति कारणतः त्रया योगे नाम् इति भवति. त्रयाणाम् इति रूपं सिद्ध्यति असाधुरूपम्.
अतः किं करणीयम्? अग्रे पठतु.
अधुना त्रयादेशः अनन्तरं त्रया योगे नाम् इति स्थितौ स्थानिवद्भावेन तिसृ इति आदेशः भवति. इत्युक्तौ त्रय इति आदेशः त्रिशब्दस्य इव त्रिशब्दः इव अस्ति. त्रि योगे नाम् एकदेशविवृतम् एकदेशविकृतम् अनन्यवत् इति परिभाषया एकदेश विकारः जातश्चेदपि अनन्यवत् न भवति. अन्यवत् न भवति. ओके. एकदेश विकारः जातश्चेदपि अनन्यवत् इत्युक्ते अन्यवत् न भवति. अनेन त्रय इत्यस्मिन् दीर्घादेशः त्रया इति जातः चेदपि त्रय इतिवत् त्रय इव भवति. अनेन त्रयादेशः स्थानिवद्भावेन त्रि योगे नाम् इति स्थितिः. ओके. अत्र यद्यपि त्रियोगे नाम् इति दीर्घादेश त्रययोगे नाम् इति दीर्घादेशः भवति नामी प्रत्यये परे. त्रया इति दीर्घादेशः भवति यद्यपि तादृशं भवति परन्तु तथापि स्थानिवद्भावेन त्रय दीर्घादेश त्रया इति जातः चेदपि स्थानिवद्भेव न त्रय इव भवति. स्थानिवद्भावेन त्रया इति अङ्गं त्रय इतिवत् भवति.
न तथा न वक्तव्यं. तत्र चिन्तयतु, पूर्वस्मिन् परिच्छेदे त्रयस्त्रयः सूत्रं ह्रस्वनद्यापो नुट्टु नामि एभिः सूत्रैः त्रयायोगः नाम् इति स्थितिः आगता. त्रयायोगः नाम् इति स्थितिः अस्ति. अत्र स्थानिवद्भावं कुर्मः चेत् इत्युक्ते स्थानिवदादेशो अनल्विधौ इति सूत्रेण स्थानिवद्भावं कुर्मः चेत् स्थानिवद्भावं कुर्मः इत्यस्य अर्थः कः? त्रि इति प्रातिपदिकमेव अस्ति इति चिन्तयतु. यद्यपि त्रया इति रूपं दृश्यते तथापि तत्र स्थानिवद्भावेन तत्र त्रि इति प्रातिपदिकमेव अस्ति इति चिन्तयतु. त्रि इति प्रातिपदिकमेव अस्ति इति चिन्तयामश्चेत् स्थानिवद्भावेन, इत्युक्ते स्थानिवद्भावः किं वदति, आदेशः स्थानिवत् भवति, अत्र यः आदेशः अभवत् सः स्थानिवत् अस्ति इति चिन्तनीयमस्ति. यद्यपि त्रया इति रूपं दृश्यते तथापि तत्र प्रातिपदिकं तु त्रि एव अस्ति. पुनः अत्र त्रिचतुरोस्त्रियां तिसृ चतस्र इति सूत्रेण तिसृ आदेशं कुर्मः.
अतः त्रय इति इव भवति, अनेन त्रयादेशः स्थानिवद्भावेन त्रियोगे नाम इति स्थितिः भवति. अधुना
स्थानिवद्भावं कुर्मः इत्युक्ते अर्थः कः, त्रय इति आदेशः त्रिशब्दस्य स्थाने आगतः, अतः त्रय इति रूपं त्रि इति रूपस्य परिवर्तनं रूपमेव इति अर्थः खलु.
तादृशमेव
इत्युक्ते त्रय इति रूपं यद्यपि दृश्यते तद्रूपं त्रि इति शब्दस्य स्थाने आगतम् इत्यतः तत्र स्थानिवद्भावं कृत्वा तिसृ आदेशं कुर्मः. त्रय इति रूपं त्रय इति रूपं द्वयोः रूपं भिन्नम् अस्ति. त्रय इति एकं रूपं, त्रया इति दीर्घं रूपम् अस्ति. द्वयोर्मध्ये भेदः नास्ति इति कथं कथयितुं शक्यते
इति उक्ते, द्वयोपि पदे त्रि इत्येव प्रातिपदिकम् अस्ति. त्रि इत्येव प्रातिपदिकम् इति द्वयोः अपि पदानि तत्र आदेशः भवति.
त्रिस्थाने आदेशः अभवत्, किन्तु अत्र इतोपि एका परिभाषा आयाति, एकदेशविकृतम् अनन्यवत् इति परिभाषा अस्ति. इत्युक्ते एकदेशविकारः जातः चेदपि अनन्यवत् इत्युक्ते अन्यवत् न भवति. इत्युक्ते एकदेशविकारः अनन्यवत् इत्यस्य अवगमनार्थं किं वक्तव्यम्, एकः शुनकः अस्ति, तस्य पुच्छं नास्ति चेदपि सः शुनकः एव. एवमेव एकः पुरुषः अस्ति, पुरुषस्य हस्तः नास्ति चेदपि अथवा नेत्रं नास्ति चेदपि सः पुरुषः एव. त्रय इति रूपमेव त्रया इति रूपे परिवर्तनं जातम्. एकदेशविकृतम् इत्युक्ते शब्दस्य एकस्मिन् स्थले विकारः जातः चेदपि तत् अन्यत् पदं नास्ति. इत्युक्ते एकस्मिन् देशे अथवा एकस्मिन् स्थले विकारः जातः चेदपि, इत्युक्ते परिवर्तनं जातं चेदपि, तत्पदम् अन्यवत् नास्ति.
पूर्वं यत् पदं तदेव अस्ति,
तदेव अस्ति. पूर्वं यथा अस्ति तस्मात् भिन्नं नास्ति. तत्र परिवर्तनं जातं चेदपि त्रया इति आदेशः भवति, पश्चात् नामी सूत्रेण अजन्तङ्गस्य दीर्घादेशः भवति चेदपि इदानीमपि भिन्नं नास्ति. परिवर्तनं जातं चेदपि मूलरूपस्य परिवर्तनं जातम् इत्युक्ते विकृतिरूपं दृश्यते, किन्तु तदेव प्रकृतिः अपि, विकृतिः अपि प्रकृतिः एव. त्रि इति मूलरूपम् अस्ति, किन्तु त्रया इति दीर्घत्वसहितरूपम् अस्ति चेदपि तत्तु त्रया इति रूपस्य
परिवर्तितं रूपं तदेव.
एकदेशविकृतम् अनन्यवत् इति परिभाषया यद्यपि अत्र त्रया इति रूपं दृश्यते, दीर्घादेशसहितं रूपं दृश्यते चेदपि, परिवर्तितं रूपं दृश्यते चेदपि तद्रूपं त्रय एव. तत्र मूलबीजं तु समानमेव, तस्य मूलरूपं तु समानमेव. विकृतिरूपं वयं पश्यामः, किन्तु तत्र प्रकृतिः त्रय अस्ति. एकदेशविकृतम् अनन्यवत् परिभाषया एकस्मिन् स्थले परिवर्तनं जातं चेदपि तत् पदम् अन्यत् पदं नास्ति, अनन्यवत् भिन्नं नास्ति.
भिन्नं नास्ति. आम्, तस्मात् च त्रिचतुरोस्त्रियां तिसृ चतस्र इत्यस्य प्रसक्तिः अस्ति. तिसृयोगे नाम, तदा नामि इत्यनेन अजन्त अङ्गस्य दीर्घादेशः भवति नाम प्रत्यये परे. अस्यां स्थितौ न तिसृ चतस्र इति दीर्घबाधकसूत्रस्य अवसरः स्यात्. अनेन अस्य सूत्रस्य व्यर्थता वारिता. तस्मात् अधुना त्रियोगे नाम इति स्थितौ त्रिचतुरोस्त्रियां तिसृ चतस्र इत्यस्य प्रसक्तिः भवति.
किमर्थं भवति त्रिचतुरोस्त्रियां तिसृ चतस्र इत्यस्य प्रसक्तिः कथं भवति?
अधुना त्रियोगे नाम इति स्थितौ अधुना स्त्रीप्रत्ययः अस्ति किल, तत्र त्रयस्त्रयः इति इति दट् इस् जनरल् सूत्रम् एतत् अपवादसूत्रम् अस्ति किल स्त्रियां स्त्रीप्रत्यये एव एतत् सूत्रं कृतं किल त्रिचतुरो स्त्रियाम् इति सूत्रं स्त्रीप्रत्ययस्य कृते एव भवति न तु पुल्लिङ्गे वा नपुंसकलिङ्गे वा इति कारणतः
तत्तु साधु एव किन्तु उपरितने परिच्छेदे अन्तिमं वाक्यमस्ति त्रयादेशस्य स्थानिवद्भावेन त्रियोगः नाम इति स्थितिः आगन्तुं शक्नोति यद्यपि त्रयादेशः भवति इति वदामः तथापि तत्र स्थानिवद्भावं कुर्मः चेत् त्रि इति प्रातिपदिकमेव अस्ति इति चिन्तयितुं शक्नुमः तेन त्रिचतुरो स्त्रियां तिसृ चतस्र इत्यस्य प्रसक्तिः भवितुं शक्नोति इत्युक्ते त्रयादेशः भवति चेदपि तत्र स्थानिवद्भावं कुर्मः चेत् त्रि इति प्रातिपदिकमेव अस्ति इति चिन्तयित्वा अग्रे सरितुं शक्ष्यामः त्रिचतुरो स्त्रियां तिसृ चतस्र सूत्रस्य कारणेन त्रि प्रातिपदिकम् अस्ति इत्यतः तिस्र आदेशः भवति वदतु
त्रि प्रातिपदिकम् अस्ति इति कारणतः त्रिचतुरो स्त्रियां त्रिचतस्र इत्यस्य प्रसक्तिः भवति अत्र त्रि योगे नाम इति स्थितौ ओके अधुना त्रिचतुरो स्त्रियां तिसृ चतस्र इति सूत्रेण तिसृ योगे नाम इति भवति त्रि इत्यस्य आदेशः भूत्वा तिसृ इति आगच्छति तिसृ योगे नाम इति स्थितिः
नाम केन सूत्रेण आगतम्
नामी सूत्रेण
ह्रस्व नद्याप नुट् सूत्रेण आगतम्
ओके ह्रस्व नद्याप नुट् इति सूत्रेण नाम प्रत्ययः अधुना आगतः तिसृ योगे नाम इति स्थितौ स्थितिः तदा नामी इत्यनेन सूत्रेण अजन्तस्य अङ्गस्य दीर्घादेशः भवति नाम प्रत्यये परे अस्यां स्थितौ नाम प्रत्यये परे ओके अजन्तस्य अङ्गस्य दीर्घादेशः भूत्वा तिसृ इति दीर्घादेशः भवितुम् अर्हति परन्तु अस्यां स्थितौ न तिसृ चतसृ इति दीर्घबाधकसूत्रस्य अवसरः स्यात् अनेन अवसरेण अस्य सूत्रस्य व्यर्थता वारिता इति कारणतः तत्र दीर्घादेशः न भवितुम् अर्हति अत्र तिसृ योगे नाम इत्येव भवति तत्र दीर्घादेशः न भवितुम् अर्हति
अस्मिन् परिच्छेदे वस्तुतः यत् कार्यं भवति तदेव अत्र लिखितमस्ति अन्तिमं सोपानमेव अत्र लिखितमस्ति किन्तु इतोपि अत्र चिन्तनम् अग्रिमेषु परिच्छेदेषु लिखितमस्ति त्रयादेशः भवति चेदपि स्थानिवद्भावेन तत्र त्रि इति प्रातिपदिकमस्ति इति चिन्तयित्वा त्रिचतुरो स्त्रियां तिसृ चतस्र इति सूत्रेण त्रिस्थाने तिस्र आदेशं कुर्मः चेत् तिसृ इति रूपमायाति पश्चात् ह्रस्वनद्यापनुट् सूत्रेण नाम् इति रूपमायाति तिसृ योगः नाम् इति स्थितिः अस्ति तदा नामे इत्यस्य प्रसक्तिः अस्ति किमर्थं चेत् तत्र ह्रस्वान्तमङ्गमस्ति तिसृ इति ह्रस्व अजन्तमङ्गमस्ति अपि च नाम् प्रत्ययः अस्ति इति कारणतः तत्र नामे सूत्रेण दीर्घादेशः भवति स्म किन्तु न भवति किमर्थं चेत् तस्यां दशायां न तिसृ चतस्र इति दीर्घस्य बाधकसूत्रम् आगत्य दीर्घत्वं निषेधयति एतदेव कार्यं भवति एतादृशं चिन्तनं कुर्मः चेदेव सूत्रस्य व्यर्थता न भवति इति वक्तुं शक्यते किन्तु अस्माकं समस्या का स्त्रियाम् इति शब्दस्य अर्धनिमित्तिकत्वं स्वीक्रियते चेत् तत्र समस्या जायते इतोपि एकं परिच्छेदं पठित्वा समापयामः नरेश महोदय भवान् पठतु अग्रिमपरिच्छेदम्
परन्तु अर्थनिमित्तिकत्वं स्वीक्रियते चेत् यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेश अन्तरङ्गम् अस्ति तया एव रीत्या तिसृ आदेशस्य अपेक्षया नामि इत्यनेन दीर्घादेशः अपि अन्तरङ्गं यतोहि तस्य सूत्रस्य किमपि अर्थनिमित्तं नास्ति अतः त्रयायोगनाम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत् यदि तिसृ आदेशः स्यात् पुनः लक्ष्ये लक्षणन्यान् दीर्घादेशो न भवति. लक्ष्ये लक्षणन्यानः सूचयति यत् एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं सकृदेव भवति नाम एकवारमेव भवति. अतः तिसृ आदेशात् पूर्वं तस्मिन्नेव स्थाले दीर्घादेश भवति चेत् पुनः न भवितुम् अर्हति. अस्यां दशायां न चित् तिसृ चतुसृ इति दीर्घनिदेश निषेधकसूत्रं व्यर्थं भवति एव. अस्य एव निवारणार्थम् अर्थनिमित्तत्वं न स्वीक्रियते. अत्र दत्तमस्ति यदि वयं स्त्रियां अर्थनिमित्तिकं स्वीक्रियते तदा अपि अनन्तरं समस्या भवति. एकः सूत्रं लक्ष्ये लक्षण्यन्यान.
एकमेकं वाक्यं स्वीकृत्य वदतु. अर्धनिमित्तिकत्वं स्वीक्रियते चेत् यया रीत्या वदतु.
यया रीत्या आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति.
यया रीत्या तिसृ आदेशस्य अपेक्षया त्रयादेशः अन्तरङ्गम् अस्ति तया रीत्या एव. किमर्थम् अन्तरङ्गं भवति त्रयादेशसूत्रम्?
स्त्रियां तत् वयम् अर्थनिमित्तिकं स्वीक्रियते चेत् तत्र एकः निमित्तं बहु अस्ति अतः तत् बहिरङ्गं भवति. तत् अपेक्षया त्रयादेश तत् अन्तरङ्गं भवति.
त्रयादेशस्य विधायकसूत्रं किम्?
त्रयस्त्रयः.
तिसृ आदेशस्य विधायकसूत्रं?
त्रिचतुरोस्त्रियां तिसृ चतस्र.
त्रिचतुरोस्त्रियां तिसृ चतस्र अपि च त्रयस्त्रयः अनयोर्मध्ये त्रयस्त्रयः अन्तरङ्गं तादृशरीत्या एव.
तया रीत्या तिसृ आदेशस्य अपेक्षया नामि इत्यनेन दीर्घादेश अति अपि अन्तरङ्गम्
अपि अन्तरङ्गं. किमर्थं चेत् तस्य सूत्रस्य किमपि अर्धनिमित्तं नास्ति तावद्वदतु.
तत्र कोऽपि निमित्तं नास्ति अतः तत् अपि अन्तरङ्गं भवति. त्रिचतुरोस्त्रियां तिसृ चतस्रि अपेक्षया.
अत्र किं सूत्रम् अन्तरङ्गं, किं सूत्रं बहिरङ्गं, किमर्थम्?
नामी अन्तरङ्गं भवति.
कस्य अपेक्षया?
तस्य अपेक्षया त्रिचतुरोस्त्रियां तिसृ चतस्रि बहिरङ्गं भवति.
नामी इत्यस्मिन् सूत्रे अर्धनिमित्तं नास्ति. त्रिचतुरोस्त्रियां तिसृ चतस्र इत्यस्मिन् स्त्रियाम् इति अर्धनिमित्तिकत्वम् अस्ति इत्यतः एकम् अधिकं निमित्तम् अस्ति इत्यतः अल्पनिमित्तिकत्वेन नामी इति सूत्रम् अन्तरङ्गं भवति. अन्तरङ्गं भवति चेत् तस्य सूत्रस्य कार्यमेव करणीयं. करोतु.
तस्य कार्यं कर्तुं तदा त्रयाणाम् अन्तरङ्गत्वात् दीर्घानन्तरं स्थानिवत्त्वेन यदि तिसृ आदेशः स्यात् अत्र यदि तिसृ आदेश तिसृ तु नास्ति, तिसृ आदेशः अस्ति. पुनः लक्ष्ये लक्षण्यान् दीर्घादेशो न भवति.
त्रयायोगः नाम इत्यस्यां दशायां किं चिन्तनम् अस्ति? किमर्थं लक्ष्ये लक्षणन्यायः उक्तः? नीलं भगिनी वदतु, किमर्थं लक्ष्ये लक्षणन्यायः उक्तः त्रयायोगः नाम इत्यत्र किं चिन्तनम् अस्मिन् सोपाने?
इत्युक्ते अत्र त्रयायोगनाम् अस्ति चेत् तत्र त्रया इति यः वयं दृष्टवन्तः सः त्रि एव अस्ति.
पूर्वस्मिन् वाक्ये त्रिचतुरो स्त्रियां नामि अनयोः प्रसङ्गे चिन्तनं कृत्वा नामी इति सूत्रम् अन्तरङ्गं भवति इति निर्णयं कृतवन्तः. नामी इति सूत्रस्य कार्यं भवितुं शक्नोति अन्तरङ्गत्वेन, तस्य कृते अल्पनिमित्तिकत्वम् अस्ति इति चिन्तयित्वा नामीसूत्रेण कार्यं भवति इति चिन्तयित्वा नामीसूत्रेण कार्यं कृत्वा त्रया इति रूपं साधितवन्तः. त्रयायोगः नाम इत्यत्र अन्तरङ्गत्वात् नामीसूत्रेण दीर्घत्वं भवति, पश्चात् तत्र स्थानिवद्भावं कुर्मः. वदतु,
स्थानिवद्भावं कुर्मः चेत् तत्र तिस्र इति आदेशः भवति.
यद्यपि त्रया इति रूपं दृश्यते एकदेशविकृतम् अनन्यवत् इति परिभाषया, तत्र त्रय इति रूपमेव अस्ति इति चिन्तयितुं शक्नुमः. अपि च त्रय इति रूपं त्रि इति प्रातिपदिकात् आगतम् इत्युक्ते आदेशः स्थानिवत् भवति, अतः तत्र स्थानिवद्भावः अभवत्. स्थानिवद्भावं कृत्वा तद्रूपं दृश्यते इति कारणतः तत्र तिसृ आदेशः भवितुं शक्नोति. त्रिचतुरो स्त्रियां तिसृ चतसृ इति सूत्रेण खलु. अतः इदानीं वयं तिसृ आदेशं कुर्मः. किन्तु समस्या का इत्युक्ते पूर्वं नामी सूत्रेण दीर्घत्वम् अभवत्.
आम्, एकवारं तत्र नामी इति सूत्रस्य तत्र कार्यम् अभवत्,
अतः लक्ष्यलक्षणन्यायेन
इतः पुनः तत्र यदा तत्र तिस्रयोगनाम भवति तत्र अत्र नाम इति यद्यपि तत्र ह्रस्व अङ्गात् अस्ति, नामी इति नाम इति प्रत्ययः परे अस्ति, तथापि अत्र दीर्घादेशः न भवितुम् अर्हति नामी इत्यनेन. किमर्थं चेत् नामी एकवारं तु कार्यं कृतवन्तः पूर्वे, पुनः तत्र तस्य सूत्रस्य तत्र तेन सूत्रेण यद्यपि अत्र प्रसक्तिः दृश्यते तथापि तत् लक्ष्ये लक्ष्यन्यायेन यः तत्र अस्ति तत्तेन आधारेण पुनः सूत्रं न आगत्य कार्यं कर्तुं शक्यते.
नामे सूत्रं न आयाति तदा न तिसृ चतसृ इत्यस्य अवसरः एव नास्ति खलु.
चतसृ इति यः अस्ति सः नामीसूत्रस्य एव बाधकसूत्रम्. सो यदि नामी एव न आयाति तत्र न तिसृ चतसृ इति अस्य तत्र न आगन्तुं शक्यते, बाधकसूत्रमपि न आयाति,
अवसरः एव नास्ति.
आम्, अवसरः नास्ति.
इत्युक्ते लक्ष्यलक्षणन्यायः किं वदति?
तत्र यः पदनिर्माणार्थं ये सोपानानि सन्ति, यदि पूर्व कस्यचित् पूर्वसोपाने तत्र एकसूत्रेण कार्यम् अभवत् पुनः तत्र तत्र कार्यं न करणीयम् इति, तेन सूत्रेण एव पुनः कार्यं न करणीयम् इति अहं तु तदेव अवगमम्.
उत्तमं. पूर्वं त्रया इति रूपं नामी इति सूत्रेण आगतं, त्रया इति रूपम् आगतं, तत्र स्थानिवद्भावेन तिस्र आदेशं कुर्मः चेत् लक्ष्यलक्षणन्यायेन द्वितीयवारं नामीसूत्रस्य कार्यं भवितुं न शक्नोति. किमर्थं चेत् तत् कार्यं पूर्वम् अभवत्, एकस्मिन् स्थले एकेन सूत्रेण कार्यम् एकवारमेव भवति, सकृदेव भवति, एकवारमेव भवति. लक्षणम् इत्युक्ते सूत्रम्, एकस्मिन् लक्ष्ये लक्षणं नाम सूत्रं, तस्य सूत्रस्य कार्यं सकृतेव भवति, एकवारमेव भवति, न तु द्विवारम् इति अनेन न्यायेन उच्यते. अतः अत्र नामीसूत्रस्य कार्यं तिस्रियोगः नाम इत्यत्र तस्य प्रसक्तिरेव न भवति. यदा नामीसूत्रस्य प्रसक्तिरेव न भवति तदा न तिसृ चतसृ इति निषेधकसूत्रस्य अवसरः अपि नास्ति. एतत् सर्वं निवारयितुम् अर्थनिमित्तिकत्वं मा स्वीकरोतु इति वदति. इत्युक्ते त्रिचतुरो स्त्रियां तिसृ चतसृ इत्यस्मिन् सूत्रे स्त्रियाम् इति शब्दस्य अर्थनिमित्तिकत्वं न स्वीकरणीयम्. किन्तु अग्रिमे परिच्छेदे इतोपि किञ्चित् लिखितम् अस्ति, तस्मिन् प्रसङ्गे अग्रिमे सप्ताहे चिन्तनं करिष्यामः. भगिनी एकवारं पठतु.
अत्र स्त्री अर्थः इति उच्यते, लिङ्गम् अर्थनिष्ठम् इति उच्यते, अकारान्त पुल्लिङ्गरामशब्दः इति यथा लिङ्गत्वं वदामः व्यवहारे, तथा वस्तुतः लिङ्गम् अर्थनिष्ठं स्त्रीत्वं गुणः अस्ति, अनेन च शब्दः विशिष्यते विशेष्यति इत्यस्मात् स्त्रीत्वम् अर्थनिष्ठं गुणानां साक्षात् निमित्ततया कथनं न सङ्गच्छते इति कृत्वा स्त्रीत्वविशिष्टव्यक्तिः एव निमित्ततया गृह्यते, अर्थः निमित्ततया न गृह्यते, इत्युक्ते विशेषतया निमित्ततया न गृह्यते। अपरेषु स्थलेषु प्रदर्शयते यत् विशेषणतया निमित्ततया गृह्यते, अर्थः सम्पूर्णतया परित्यक्त्वः त्वयः इति न उच्यते, किन्तु निमित्तानाम् उपादाने निमित्तानां ग्रहणे विशेष्यतया गुणः न ग्राह्यः, अपि च विशेष्यतया गृहीतानि यानि निमित्तानि तानि एव अत्र ग्राह्यानि, इत्थञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते, इत्थञ्च गुणस्य यः आश्रयः सः एव निमित्ततया गृह्यते,
गुणस्य यः आश्रयः अस्ति सः एव निमित्ततया गृह्यते। स्त्रीलिङ्गशब्दः इति कथनेन तत्र शब्दः कीदृशः, स्त्रीलिङ्गः, स्त्रीलिङ्गत्वम् इति अर्थः अस्ति, स्त्रीत्वं गुणः अस्ति, अनेन गुणेन शब्दः विशिष्यते स्त्रीलिङ्गशब्दः इति वदामि चेत् तत्र शब्दः इति विशेष्यम् अस्ति, स्त्रीत्वम् इति तस्य विशेषणं भवति, विशेषणं विशेष्यं वर्णयति, गुणानां साक्षात् निमित्ततया न स्वीकरणीयम्, गुणस्य आश्रयः एव निमित्ततया गृह्यते, इत्युक्ते गुणः साक्षात् निमित्तरूपेण न स्वीकरणीयम्।
यस्मिन् सः गुणः यस्मिन् गुणस्य आधारः तदेव तत् तत् पदार्थः एव स्वीकरणीयः, न तु गुणः स्वीकरणीयः इति अस्ति वा?
गुणी एव स्वीकर्तव्यं, न तु गुणः, गुणस्य निमित्तरूपेण स्वीकरणं नास्ति, गुणः विशेष्यरूपेण न स्वीक्रियते, किन्तु अर्थः परित्यक्तव्यः इति नास्ति, अर्थस्य त्यजनं भवतु इति नास्ति, सम्पूर्णतया अर्थः परित्यक्तव्यः इति चिन्तनं नास्ति, अर्थः विशेषणरूपेण स्वीक्रियते, अर्थः विशेषणरूपेण स्वीक्रियते, किन्तु विशेष्यं तत्र अन्यदस्ति इति चिन्तनीयं, विशेष्यमेव स्वीकरणीयम्, इत्युक्ते अर्थः न स्वीकरणीयः, शब्दः एव स्वीकर्तव्यः, विशेषणं निमित्तरूपेण न स्वीकरणीयम्। अर्थः इति कथनेन शब्दस्य विशेषणं भवति खलु, अर्थः इत्युक्ते शब्दस्य अर्थः अस्ति, शब्दं वर्णयति, शब्दं विशेषयति। वदतु,
पूर्वे दृष्टं न, तत्र पठितं पूर्वे, तत्र शब्दः अर्थः, अर्थस्य शब्दे अर्थः अपि अस्ति, सो तत्र अर्थः विशेषणम् अस्ति, शब्दः विशेष्य अस्ति, सो तत्र अत्र अस्मिन् परिच्छेदे लिखितमस्ति विशेष्य एव स्वीकरणीयं, न तु विशेषणं स्वीकरणीयं। स्त्रियां यः अस्ति तत्र स्त्री इति यः अस्ति तस्मिन् स्त्रीत्वम् इति गुणः, सो स्त्रीत्वम् इति गुणः निमित्तरूपेण न स्वीकरणीयं, तत्र निमित्तरूपेण न गृह्यते, केवलं कस्मिन् अस्ति स्त्रीत्वम् इत्युक्ते तत्र यथा तत्र आम् इति प्रत्ययः स्वीकुर्मः, आम् इति प्रत्ययः तस्मिन् तादृशस्थित्यां तत्र स्त्रीत्वम् इत्वम् इति गुणः आयाति, तदेव स्वीकरणीयं, न तु निमित्तरूपेण स्वीकरणीयं,
गुणस्य साक्षात् निमित्तरूपेण स्वीकरणं न भवति, गुणः कस्मिन् अस्ति इति द्रष्टव्यं, गुणी एव स्वीकर्तव्यं, गुणस्य निमित्तरूपेण स्वीकरणं नास्ति, स्त्रीत्वम् इति कथने स्त्रीत्वविशिष्टव्यक्तिः एव गृह्यते इति लिखितमस्ति, व्यक्तिः इति कथनेन तत्र प्रत्ययः इति वक्तव्यमस्ति, स्त्रीत्वं कस्मिन् अस्ति इति द्रष्टव्यं, स्त्रीत्वम् इत्यस्य अर्धनिमित्तिकत्वं न स्वीकरणीयम् इत्येव मया अवगतम्. अस्तु, अग्रिमेषु परिच्छेदेषु इतोपि अर्धकृतनिमित्तस्य प्रसङ्गे दत्तमस्ति. अन्ततो गत्वा स्योन इति रूपसाधनवेलायां किं भवति इति अपि चिन्तनं करणीयं, तत्र कीदृशनिमित्तं स्वीकरणीयम् इति स्योनपदस्य प्रसङ्गे चिन्तनम् अग्रे दत्तमस्ति. एकवारं करपत्रं पठन्तु. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.